सर्वे कृपया म्यूट् भवन्तु. अनन्तरं यदा अहं स्वस्य नाम वदामि तस्मिन् समये अन्म्यूट् कृत्वा आगच्छन्तु. अस्तु, तर्हि एषः वर्गः व्याकरणवर्गः अस्ति. तर्हि प्रायः प्रथमवर्गः अपि अस्ति. तर्हि एकं श्लोकम् उक्त्वा प्रारभामहे. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवधरं ध्यायेत् सर्वविघ्नोपशान्तये. अस्तु, अनन्तरम् एतद् व्याकरणवर्गः अपि अस्ति इति कृत्वा मुनित्रयं व्याकरणस्य मुनित्रयत्रयम् अस्ति. पाणिनिः, पाणिनिमहर्षिः, अनन्तरं पतञ्जलिः, अनन्तरम् अस्ति वररुचि इति. तेषां तेभ्यः नत्वा वयं प्रारभामहे. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं, सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. तर्हि व्याकरणस्य का आवश्यकता इति अनेके पृच्छन्ति. भाषायाः कृते केवलं सम्भाषणवर्गः पर्याप्तं ननु, किमर्थं व्याकरणस्य वर्गः इति. तर्हि यदा वयं भाषापठनसमये प्रश्नाः उद्भवन्ति, तेषां सर्वेषां प्रश्नानाम् उत्तरम् अत्र वयं प्राप्नुमः. उदाहरणार्थं यदा वयं क्रियापदानि पश्यामः, तर्हि शुच् धातुः इति पश्यामः, शोचति इति रूपं भवति. किन्तु तुद् इति धातोः कृते रूपं भवति तुदति इति. किमर्थं तोदति इति न भवति? लिक् इति धातोः किमर्थं लेखति इति रूपं न स्यात् इति प्रश्नाः भवन्ति. अनन्तरमस्ति, एकस्मिन्नेव गणे अस्ति एकः धातुः अस्ति मुद् धातुः, मोदते इति भवति. किन्तु सूद् इति धातुः अस्ति, तस्य तु सूदते इति एव अस्ति, सोदते इति न भवति. अनन्तरमस्ति गम् धातुः, अन्यत् उदाहरणं वदामि चेत् गम् धातुः अस्ति, धातुः गम् इति अस्ति. तस्य क्रियापदं किमर्थं गच्छति इति आयाति. किन्तु यदि वयं लुट्प्रकारं पश्यामः, भविष्यत्कालरूपं पश्यामः चेत् गमिष्यति इति रूपम् आयाति. तर्हि तेषां सदेशम् अस्माकं सर्वेषां प्रश्नानाम् उत्तरं वयम् अग्रे अत्र अस्मिन् वर्गे प्राप्नुमः. अस्माकं बुधवासरस्य वर्गः भवति विद्याभगिन्याः रामप्रियभगिन्याः वर्गद्वयं भवति, सेशन्स् द्वयं एकस्मिन्नेव समये. तस्यैव अनुवर्तनरूपेण रिव्यूरूपेण एषः वर्गः अस्ति. किन्तु भवन्तः यदि बुधवासरे न आगन्तुं शक्नुवन्ति चेत् एषः वर्गः निश्चयेन, एतं वर्गं निश्चयेन आगच्छन्तु. अनन्तरं किमस्ति, यदि भवन्तः पञ्जीकरणं न कृतवन्तः, ग्रूप् मध्ये ईमेल् न प्राप्तवन्तः, तर्हि निश्चयेन माम् ईमेल् करोतु, अहं स्वरूप् महोदयं वक्ष्यामि ग्रूप् मध्ये हेल्प् कर्तुम् इति सन्देशः आसीत् मम सन्देशः. अनन्तरं किमित्युक्ते, पदपरिचयः भवति एव भाषावर्गे वर्गेषु, किन्तु पदस्य उत्पत्तिः कथं भवति इति वयम् अस्मिन् वर्गे अस्माभिः ज्ञातुं शक्यते. नूतनपदं निर्मातुं भाषाज्ञानमपि वर्धते, सुदृढं भवति अत्र व्याकरणवर्गेषु. तर्हि अत्र एकः श्लोकः अस्ति, एनाक्षरसमाम्नायाम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं चक्रे तस्मै पाणिनेये नमः. अष्टाध्यायी जगन्माता यस्य चित्रात् समुत्थिता वेदानाम् उपकाराय तस्मै पाणिनेये नमः इति. वेदानाम् उपकाराय पाणिनिव्याकरणं सहायं करोति. किं किम् अष्टाध्याय्याम् इति अष्टाध्यायी इति ग्रन्थे केवलं लौकिकव्याकरणस्य विषयाः इति न, किन्तु वेदेषु ये व्याकरणानि सन्ति तेषामपि उल्लेखनं भवति. पूर्वजैः वेदेषु यदुक्तं तद् अस्माभिः सम्यक्तया ज्ञातुं शक्यते. यदि अष्टाध्यायी पठामः चेत् व्याकरणं जाटिल्यम् इति वदन्ति केचन, किन्तु तथा नास्ति. यदि वयं वर्गे वर्षद्वयं पठामः चेत् वयम् अवगन्तुं शक्नुमः तावत् जाटिल्यं नास्ति. किमर्थम् इत्युक्ते, व्याकरणं तु पतञ्जलिना सरलरूपेण सूत्राणि पतञ्जलिः रचितवान्. अनन्तरं वयम् अधुना स्वरूपमहोदयस्य वर्गं वयं स्वरूपमहोदयः अस्ति अस्माकं गुरुः, महोदयस्य गुरुः अस्ति पुष्पादीक्षित इति महोदय. महोदय तु बिलास्पुर् नगरे वसति, सा किं कृतवती इत्युक्ते नूतनपद्धति एकं रचयित्वा पाठयति, विना शुल्कं पाठयति माता. तर्हि तस्याः एव पद्धतिः अस्माभिः पठ्यते अत्र. अनन्तरं किं सिद्धान्तकौमुदी, केचन सिद्धान्तकौमुदी पुस्तकं स्वीकृत्य पठन्ति, किन्तु अत्र वर्गे तु अष्टादि मातुः क्रमः अस्ति, पुष्पादीक्षितमहोदयाः क्रमः अस्ति. अष्टाध्याय्यां यानि सूत्राणि सन्ति तानि तदेव क्रमेण अस्माभिः पठ्यते, तेनैव क्रमेण अस्माभिः पठ्यते. तर्हि महत्त्वं किम् इति अग्रे पश्यामः वयम्. अत्र करपत्राणि अपि सन्ति महोदयस्य, सुरत् महोदयस्य जालपुटे. निश्चयेन वर्गं समाप्य किञ्चित् गूगल् करोतु, पाणिनेः विषये किञ्चित् अन्वेषणं कुर्वन्तु कः अस्ति इति. अनन्तरं मातुः अपि निश्चयेन पश्यन्तु. पुष्पा दीक्षिता इति अस्ति, दीक्षिता इति मातुः नाम. अत्र किम् इत्युक्ते पाणिनिः, अत्र अस्माकं कोविड परीक्षायामपि किञ्चित् विषयः तत्र आयाति, निश्चयेन पठन्तु. तर्हि अग्रे गच्छामः. अत्र किम् इत्युक्ते संस्कृतव्याकरणे, संस्कृतभाषायाम् उपद्विसहस्रधातवः सन्ति, तदेव श्रेणीकर्तुमेव धातुगणाः इति पाणिनिना विभक्तः. तर्हि श्रेणीकरणं किमर्थम्? यत्रापि श्रेणीकरणं भवति तत्र सारल्यं भवति पठने. उदाहरणार्थं वयं नदी इति शब्दः पठामः, तर्हि नदीशब्दात् वयं यदि नदीशब्दः पठामः चेत् तर्हि सरस्वती इति ईकारान्त अन्य ईकारान्तशब्दानामपि अस्माभिः रूपं ज्ञातुं वयं स्वयं कर्तुं शक्नुवन्ति. तथैव रामशब्दः, रामशब्दः जानीमः चेत् कृष्णशब्दः सरलं भवति, सीताशब्दः तथैव उकारान्तशब्दः इति कृत्वा वयं श्रेणीकृतमस्ति, तर्हि पठनमपि सरलं भवति. तथा एव श्रूयते किम्? तथा एव द्विसहस्रधातूनाम्, उपद्विसहस्रधातूनां श्रेणीकरणम् अभवत् धातुः गणाः इति नाम्ना. एकधातोः अत्र किं पश्यामः चेत् वर्गे अस्माकं प्रथमं किम् अस्ति चेत् वयं साधारणतया किं भवति, साधारणतया एकं धातुं स्वीकृत्य तस्यैव दशलकाराः सन्ति इति वयं जानीमः. लट् लोट् लङ् विदिर् लिङ्, अनन्तरं लिट् लकारः, लेट् लकारः इति दश लकाराः सन्ति. किन्तु आदौ किमित्युक्ते तस्यापि श्रेणीकरणम् अभवत् मातुः पाठे पद्धत्यां, सार्वधातुकलकाराः इति एकं प्रकोष्ठम्, अन्यत् अस्ति आर्धधातुकलकाराः इति अन्यत् प्रकोष्ठमस्ति. सार्वधातुकलकाराः इत्युक्ते लट् लोट् लङ् विदिर् लिङ्, एषां पद्धतिः प्रक्रिया समानं भवति इति कृत्वा तद्वयम् आदौ पठामः, अनन्तरं वयम् आर्धधातुकलकारः पठामः. किमित्युक्ते सार्वधातुकलकाराणां कृते एव दश धातुगणाः भवन्ति, आर्धधातुकलकाराणां कृते गणानां किमपि महत्त्वं नास्ति इति कृत्वा प्रथमं वयं किं पठामः इत्युक्ते सार्वधातुकलकाराः इत्युक्ते किं? लट् लोट् लङ् विदिर् लिङ्, एषां कृते एव धातुगणाः भवन्ति. प्रथमं किम् इत्युक्ते वयं अहं वदामि, एकं धातुं स्वीकृत्य अहं वदामि पठति इति वदामि. भवन्तः यदि शृणोति चेत् श्रवणेन एव अस्माभिः ज्ञायते, वयं जानीमः पट् इति धातुः इति जानीमः. अनन्तरं किम्? अन्ते ति इति अस्ति, तदपि जानीमः. किमस्ति तद् ति इति? तिङ् प्रत्ययः इति वदामः, लकारनिमित्तिकं प्रत्ययः अस्ति ति इति. पठति, शोचति, सर्वत्र ति ति इति अन्ते भवति परस्मैपदीरूपेषु. यदि आत्मनेपदे चेत् ते इति भवति, तद् वयं जानीमः. किन्तु मध्ये कोऽपि वर्णः श्रूयते खलु, कः वर्णः? पट् अ ति इति. अ इति यः अस्माकं श्रवणं भवति खलु, श्रवणेन एव ज्ञायते अ इति यः भवद्भिः श्रूयते, तस्य नाम अस्ति विकरणप्रत्ययः इति. विकरणप्रत्ययम् अनुसृत्य एव गणाः भवन्ति. अन्यत् उदाहरणं वदामि. अस्ति इति उक्तम्, अत्र अस् धातुः इति जानीमः, कि इति तिङ् प्रत्ययः, मध्ये किमपि श्रूयते किं? किमपि न श्रूयते. तर्हि किमपि न श्रूयते तत्तु भिन्नगणः अस्ति. अन्यत् उदाहरणम् अस्ति, नश्यति इति, नृत्यति, नश्यति, कुप्यति. नश्यति धातुः, नृत्यति धातुः, कुप्यति धातुः. अनन्तरं ति इति प्रत्ययः, मध्ये किं श्रूयते? य इति वर्णः श्रूयते, य इति वर्णः श्रूयते, वर्णसमूहः. तर्हि तद् अस्ति भिन्नगणः अस्ति. तद् एतादृशं केवलं श्रवणेन एव अस्माभिः धातुगणः कः इति ऊहा कर्तुं शक्यते. यत् यत् यः वर्णः मध्ये आयाति तदेव गणं सूचयति. तर्हि अग्रे तादृशं सरलमस्ति धातुगणः इति विषयः. भवन्तः प्रायः परीक्षायां दृष्टवन्तः स्यात् भवादिगणः, आदादिगणः इति. तस्मिन्नेव विषये आदौ अस्माभिः पूर्णतया पठ्यते. अस्तु, तर्हि अत्र भानुमहोदय आरम्भं करोति किल? सर्वेषां समीपे करपत्राणि सन्ति खलु? प्रिण्टेड् रूपेण वा नो चेत् आन्लैन् आन्लैन् मध्ये अपि लभते. दाशगण क्षम्यतां, धातुगणाः इति करपत्रं पठतु भानुचैतन्या महोदय, कृपया पठतु. महोदय म्यूटेड् अस्ति, अन्म्यूट् करोमि, करोमि किम्? नो चेत् गीता भगिनी पठति किम्?
भानुचैतन्य अहं पठामि किम्?
आम् आं महोदय, निश्चयेन पठतु धातुगणाः इति करपत्रम्. एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अस्तु महोदय, क्षम्यतां, पठतु महोदय.
भ्वादिः प्रथमधनः, पु इत्यादयः धातवः.
आरम्भतः पठतु महोदय, आरम्भतः पठतु.
हरि ओम्. पाणिनीयधातुपाठे आरम्भम् एतदपि मम जालपाठे अस्ति. पाणिनीयधातुपाठे धातवः दशषु गणेषु विभक्ताः सन्ति. एते दशगणाः अधः सूचिताः सन्ति, परन्तु सर्वप्रथमं कानिचन नूतननामानि अस्माभिः ज्ञातव्यानि. कर्तृप्रयोगस्य लट्लकारे क्रियापदं भागत्रये विभज्यते. पठति, पठ योगः अ योगः सि, पठ धातुः अर्थं निर्दिशति. अ विकरणप्रत्ययः गणं निर्दिशति. ति तिङ्प्रत्ययः लकारं निर्दिशति. अत्र सन्ति धातूनां दशगणाः. पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते.
तर्हि वदति किं महोदय स्वस्यैव वाक्ये?
अग्रिमे गन्तुं शक्नोति वा?
न महोदय, एतत् यावत् पठितवान् तदेव विषयः, सः एव विषयः स्वस्य वाक्यैः. नो चेत् अत्र प्रश्नः अस्ति.
न, किमपि प्रश्नः न अस्ति.
अवगच्छन्ति खलु, तर्हि धातुः अस्ति, अन्ते तु किं प्रत्ययः अस्ति, मध्ये यत् आयाति तदेव अस्ति विकरणप्रत्ययः इति नाम अस्ति. तस्य नाम विकरणप्रत्ययेन एव वयं गणं ज्ञातुं शक्नुमः इति सन्देशः. दशगणाः सन्ति तर्हि विकरणप्रत्ययः अपि भिन्नाः भवन्ति प्रत्येकं गणस्य. धन्यवादः महोदय. गीता भगिनी पठति वा अग्रे? किम् इत्युक्ते एकः विषयः अस्ति, अहमपि छात्रा अस्मि, तर्हि ममापि एषः तु अभ्यासः अस्ति इति कृत्वा निश्चयेन यदि प्रश्नः अस्ति चेत् पृच्छन्तु. प्रश्नाः सन्ति चेत् यदि मया न ज्ञायते चेत् अहं स्वरूपमहोदयं वा अन्यम् अन्येषामपि अन्यानपि पृष्ट्वा वदामि. निश्चयेन पृच्छन्तु, तूष्णीं मा तिष्ठन्तु इति एव सन्देशः. अस्तु महोदय. गीता भगिनी पठति किम्? शशिकिरण् महोदय पठति.
अस्तु भगिनी, अहं पठामि. अत्र सन्ति धातूनां दशगणाः. पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते. भ्वादिः प्रथमगणः, भू इत्यादयः धातवः, भवति इत्यादीनि क्रियापदानि. यस्य गणस्य आदौ भूधातुः अस्ति सः भ्वादिगणः. विकरणप्रत्ययः शप् अ, उदाहरणार्थं खाद् भवति खादति, पट् तस्य परिवर्तनं भवति पठति, क्रीड् क्रीडति, वद् वदति, शुच् शोचति, वृत् वर्तते, जि जयति, सृ स्रवति, हृ हरति इति.
अत्र किम् इत्युक्ते अस्माभिः यत् श्रूयते अ इति विकरणप्रत्ययः श्रूयते, किन्तु तस्य मूलरूपम् अस्ति शप् इति विकरणप्रत्ययः. अग्रे वयं गत्वा पठामः कथं शप् इति विकरणप्रत्ययस्य रूपं कथम् अ इति परिवर्तयति इति अग्रे पठामः. किन्तु यदि भवन्तः अ इति शृणोति चेत् अधिकतया भ्वादिगणः भवति. किमर्थं? द्विसहस्रदातवः सन्ति, तेषु उपसहस्रदातवः 50% भ्वादिगणे सन्ति. तर्हि परिचित ये ये दातवः सन्ति अधिकतया भ्वादिगणे भवति. तर्हि अत्र उदाहरणमस्ति अ इति खाद् खाद् अति, पट् पट् अति, क्रीड् क्रीड् अति. किन्तु भूधातोः कृते किम् अभवत्? भू प्लस्
भवति
इति अस्ति. हा हा, भवति इति अभवत्. बकारः कुतः आगतः इति पश्यामः चेत् तस्य कृते किञ्चित् गुणकार्यं जानीमः चेत् सरलं भवति. गुणसन्धिः भवन्ति, भवन्तः जानन्ति एव खलु. अकारः वा आकारः वा, अनन्तरं यदि इकारः ईकारः, उकारः ऊकारः, ऋकारः ऋकारः, नो चेत् ऋकारः आयाति चेत् इकारस्य योजनेन किं भवति? एकारः भवति. तत्तु गुणसन्धिः अस्ति. तदेव उकारस्य योजनेन ओकारः आयाति. अनन्तरं किं? ऋकारस्य ऋकारस्य योजनेन अर्हति भवति गुणसन्धेः विषये. अनन्तरं ऋकारः योजयामः चेत् अल् इति भवति. तदेव अस्ति, गुणसन्धिः अस्ति. किन्तु अत्र किं भवति इत्युक्ते गुणकार्यम् इति वदामः. भेदः कः इत्युक्ते अत्र तु सन्धिकार्यं नास्ति. भू इति धातुः अस्ति, योगः अ इति आयाति. तस्मिन् समये आ इति प्रत्ययः क्षप्रत्ययः अस्ति खलु. आ इति विकरणप्रत्ययः अस्ति. विकरणं यत् आयाति तत्तु विकरणं करोति, तत्तु प्रत्ययः अस्ति. अ इति क्षप्रत्ययः अस्ति, विकरणप्रत्ययः अस्ति. तर्हि भू इत्यस्मिन् गुणकार्यं प्रेरयति, गुणं भवतु इति. तर्हि ऊकारस्य वा उकारस्य ऊकारस्य, ह्रस्व ऊकारः वा दीर्घ ऊकारः वा, तस्य तु ओकारः आदौ आयाति. अनन्तरं ओ योगः अ इति अस्ति. ओ प्लस् अ किं भवति? सन्धिकार्यमधुना भवति. एचोयवायावः इति यान्तवान्तादेशसन्धिः अस्ति खलु, तेन कारणेन अव् इति आदेशः भवति. तर्हि भूयोगः भू आदौ भवति गुणकार्येण. गुणकार्यम् गुणकार्यम् इत्युक्ते किम्? उकारस्य वा ओकारस्य ओकारः, इकारस्य ईकारस्य स्थाने इकारः, अनन्तरं ऋकारस्य ऋकारस्य स्थाने क इति प्रथमम् आयाति, अनन्तरम् इर् इति भवति, तदेव गुणकार्यम्. प्रश्नः अस्ति किम्? अस्तु, तर्हि प्रथमसोपानम् अस्ति गुणकार्यम् इति. गुणं प्रेरयति विकरणप्रत्ययः शप् इति, गुणं भवति तत्र. तर्हि गुणं भूत्वा किं भवति? भू इति धातुः भो इति भवति. तदनन्तरं भो योगः अत्र तु सन्धिकार्यमस्ति, औ इति आदेशः, यान्तवान्त आदेशसन्धिः. तर्हि भवति भवति इति रूपं साधयामः. प्रश्नः अस्ति किम् एतावत्पर्यन्तं?
सरे, एकः प्रश्नः, श्रुवति तत्र श्रोति न भवति, श्रुवति
भवति महोदय, तदेव भूत्वा एव श्रवति इति आयाति. भू भू यथा अस्ति तथा एव श्रु इति ह्रस्व उकारः अस्ति, तस्यापि योगः अ इति विक्रमप्रत्ययः यदा आयाति तस्मिन् समये गुणकार्यं भवति. भूत्वा श्रो योगः अ योगः इति, अनन्तरं किं भवति? औ आदेशः भवति उकार ओकारस्य स्थाने, श्रवति. यत्र यत्र वयं व इति उकारस्य तु वकारः आयाति, व इति संक्षेपरूपेण पश्यामः चेत् उकारस्य स्थाने औ इति आदेशः भवति. अत्र प्रथमम् ओकारः भूत्वा अनन्तरम् औ आदेशः भवति, यान्तवान् आदेशः. हृ धातुः अपि तथा एव ऋकारस्य अर् इति भवति, हरति. अनन्तरं किम्? अत्र जि इति अस्ति, तत्रापि जे इति प्रथमम् आयाति, जे इति, जि इत्यस्य गुणं भूत्वा जे एकारः आयाति, जे इति. जे योगः अ इति विकरणप्रत्ययः, ऐ आदेशः, यान्तवान्त आदेशः, तर्हि जयति इति. अनन्तरं पश्यतु अत्र ततः तस्मात् पूर्वं वृत् इति धातुः अस्ति, तत्र तु एतत्तु कार्यद्वयमस्ति. अन्ते इकारः ऊकारः अस्ति चेत्, ऋकारः अस्ति चेत् दीर्घविकारः वा ह्रस्वऋकारः वा, नो चेत् दीर्घ इकारः वा ह्रस्व इकारः वा, दीर्घ ऊकारः वा ह्रस्व ऊकारः वा भवतु, तत्र गुणसन्धिः गुणकार्यं भवति. किन्तु अत्र वृत् इति धातोः विषये पश्यामः चेत् अन्तिमवर्णः कः? ककारः अस्ति अत्र. तस्मात् उपदायाम् उपदा इति वदामः, तस्मात् पूर्वमस्ति ऋकारः. तर्हि उपदायां वर्णः ऋकारः वा इकारः वा उकारः वा आयाति चेत् लघुवर्णस्य एव गुणकार्यं भवति, दीर्घवर्णस्य गुणकार्यं न भवति. सरलमस्ति अस्ति विषयः. अन्तिमवर्णः अस्ति चेत् इकारः उकारः ऋकारः ह्रस्वस्वरः वा दीर्घस्वरः वा भवतु, तस्य तु गुणः भवति, गुणं भवति. अनन्तरं यदि उपदावर्णः इकारः उकारः ऋकारः अस्ति चेत् ह्रस्वस्वरस्य एव गुणः भवति, दीर्घस्वरस्य गुणः न भवति. तर्हि अत्र वृत् इति धातुः अस्ति, ह्रस्ववर्णः अस्ति ऋकारः, तस्य तु अर् आदेशः भूत्वा प्रथमम् अर् इति गुणं भूत्वा वर् इति भवति. वर् तत् वर् योगः प्लस् अयोगः ते वर्तते इति रूपम्. अत्र शोच शुच् इति धातुः अस्ति, तस्यापि उपदायां लघु उकारः अस्ति इति कृत्वा उकारस्य ओकारः अभवत्, अनन्तरम् अयोगः ति शोचति इति रूपम्.
महोदय, एकः प्रश्नः, भू धातु इति न ऊकारः ह्रस्वं न अस्ति, दीर्घः अस्ति न?
तदेव वदामि खलु, यदि अन्तिमवर्णः अन्तिमवर्णः अस्ति चेत् स्वरः अस्ति खलु, उकारः इकारः ऊकारः ऋकारः स्वरः, तादृशस्वरः अन्तिमवर्णः अस्ति चेत् दीर्घः वा भवतु ह्रस्वः भवतु गुणकार्यं गुणकार्यं भवति.
अवगतं, धन्यवादः.
भवत्याः दूरवाण्याः ध्वनिः एको अस्ति, किञ्चित् वयर्ड्
करोमि भगिनि.
अस्तु, धन्यवादः. अधुना अत्र पश्यतु क्रियेत् इति धातुः हलन्तदातुः अस्ति. हलन्तदातुः अस्ति चेत् एव उपदा द्रष्टव्यं भवति. अजन्तदातुः अस्ति चेत् अन्ते भवति खलु स्वरः. अत्र तु हलन्तदातुः अस्ति क्रीडति. उपदायां कः वर्णः अस्ति? ईकारः अस्ति, दीर्घ ईकारः. तर्हि तस्य गुणं न भवति. दीर्घ उपदायां दीर्घस्वरः अस्ति चेत् तस्य गुणः न भवति, गुणकार्यं न भवति. तर्हि क्रीडति क्रीडति इत्येव रूपम्. अनन्तरं खादति. आकारस्य तु गुण किमपि परिवर्तनं न भवति, गुणकार्यं न भवति खलु. तर्हि आकारः आकारः एव तिष्ठति. खादति खादति इति एव तिष्ठति. तत् अनन्तरं तत्तु दीर्घस्वरः अस्ति, किमपि कार्यं न भवति. पठति, तत्रापि अकारः अस्ति उपादायां, किमपि कार्यं न भवति. केवलम् इकारः उकारः ऋकारः ऋकारः तेषामेव कार्यं भवति, गुणकार्यम्.
भगिनी एकः प्रश्नः पुनः
न अवगच्छामि भगिनि. हल् वर्ण अन्तिमवर्णः हल् अस्ति चेत् उपदावर्णः कः इति द्रष्टव्यं भगिनि.
हल् वर्णस्य किं भवति? हल् वर्ण इच्छया भवति वा?
हल् वर्णस्य किमपि विकरणं सन्धिविकरणं भवितुम् अर्हति. सन्धिकार्यं किमपि अस्ति चेत् तत्तु भवति एव. किन्तु अत्र तु विकरणप्रत्ययः अकारः एव. अकारः अस्ति चेत् केवलं वर्णमेलनमेव भवति हल् वर्णस्य. द्वादिगणे विकरणप्रत्ययः अक अ इति अस्ति. तर्हि सन्धिकार्यस्य प्रसक्तिः नास्ति खलु, केवलं वर्णमेलनमस्ति. स्वरसन्धिः एव भवति. स्वरसन्धिः इति नास्ति, केवलं वर्णमेलनं. बद् योगः अयोगः इति केवलं वर्णमेलनं. द्वादिगणे तत्र हलन्तदातुः अस्ति चेत् किमपि सन्धिकार्यं नास्ति खलु. भगिन्याः नाम किं भगिनि? सरोजा भगिनी अस्ति खलु? शशिकिरण् महोदय प्रश्नः अस्ति वा?
आमाम् एकः प्रश्नः. भवती उक्तवती ईकारः ह्रस्व इकारः दीर्घ ईकारः अनन्तरं ऋकारः उकारस्य विषये किञ्चित् परिवर्तनं भवति इति. उदाहरणार्थं शुच् वृत् सृ सर्वं. परन्तु क्रीड् धातुः तस्य परिवर्तनं न अभवत् खलु, तत् कथं पुनः एकवारं वदतु भगिनि.
निश्चयेन महोदय. अन्तिमवर्णः स्वरः अस्ति चेत् ह्रस्वः वा भवतु दीर्घः वा भवतु तस्य तु गुणकार्यं भवति. अन्तिमवर्णः स्वरः अस्ति चेत् इत्युक्ते अजन्तदातुः अस्ति चेत् वयं जानीमः खलु अजन्त हलन्त इति किम् अस्ति. नदीशब्दः अजन्तः अस्ति, किन्तु तदा एव अत्र क्रीडति हलन्तदातुः अस्ति. तस्मिन् विषये यदि हलन्तदातुः अस्ति चेत् उपदावर्णः द्रष्टव्यः. उपदावर्णः कः अस्ति महोदय, भवान् वदति किम्?
अत्र
न न इक् रि इति अस्ति. इक् रि ककारः रेपः अनन्तरम् ईकारः अस्ति. तर्हि उपदावर्णः कः? साक्षात् उपदावर्णः इति. उपदावर्णः इत्युक्ते साक्षात् अन्तिमवर्णात् पूर्णं यथा यत् तदेव उपदा.
तदेव ईकारः अस्ति.
ईकारः अस्ति दीर्घ ह्रस्ववर्णः वा दीर्घवर्णः वा?
दीर्घ ईकारः.
तर्हि उपदायां लघुवर्णानाम् एव गुणकार्यं भवति. दीर्घ दीर्घवर्णानां गुणकार्यं न भवति. पश्यामः चेत् सोपानेन पश्यामः बहु सरलमस्ति एतत् खलु. अस्तु महोदय, अन्य प्रश्नः अस्ति अस्ति किम्? अस्तु तर्हि अग्रे कः पठति?
अहं पठामि.
भगिनी पठितवती खलु, गीता भगिनी न पठितवती
अदादिः द्वितीयः गणः अद् इत्यादयः धातवः अत्ति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः नास्ति. शप् इत्यस्य लुक् लोपः. उदाहरणम् अस् अस्ति, हन् हन्ति, वच् वक्ति, आस् आस्ते शी शेते
अत्र किम् उक्तवान् महोदय लिखितवान् इत्युक्ते अग् आदिगणः अदादिगणः इति खलु उदाहरणार्थम् अग् इति धातोः कृते अग् योगः किमित्युक्ते शप् इत्यस्य लुक् इति वृत्विकरणप्रत्ययः नास्ति शप् इत्यस्य लुक् लोपः इति उक्तवान् महोदय किमर्थम् इत्युक्ते शप् इति विकरणप्रत्ययः सर्वत्र आयाति वृष्टिः सर्वत्र पतति खलु तर्हि सर्वेषां गणानां कृते आदौ तु शप् इति एव आयाति अनन्तरं किं भवति गणमनुसृत्य पाणिनिः भिन्नभिन्न अन्य विकरणप्रत्ययः निर्दिष्टवान् कृत्यं निर्दिष्टवान् उदाहरणं दिवादिगणे शन् य इति प्रत्ययः निर्दिष्टवान् किन्तु अदादिगणे पाणिनिः किम् उक्तवान् शत् इत्यस्य लुक् भवतु इति उक्तवान् पाणिनिः लुक् इत्युक्ते लोपः किमर्थं लोपः इति न उक्तवान् इति अग्रे पश्यामः किञ्चित् भिन्नकार्यमस्ति लुक् इत्युक्ते भिन्नकार्यमस्ति भिन्नकार्याणि आगच्छति केवलं लोपः इति न लोपः तु भवति अपगच्छति वर्णः शप् इति विकरणप्रत्ययः अ इति विकरणप्रत्ययः अपगच्छति इत्युक्ते किमपि विकरणप्रत्ययः न भवति अत्र उदाहरणं वयं तु जानीमः परिचित सुपरिचितधातुः अस्ति अस्तु अस्ति अस्योगः ति अस्ति हन्योगः ति हन्ति वच् योगः ति भक्ति अत्र एव सन्धिकार्यं भवति अदादिगणे अनेकतया अधिकतया यदि हलन्तधातुः अस्ति चेत् सन्धिकार्यं निश्चयेन भवति उदाहरणार्थं वच् योगः ति इति अस्ति अधुना अ इति विकरणप्रत्ययः नास्ति तर्हि वर्णमेलस्य कार्यं नास्ति अत्र तु वच् योगः ति सन्धिकार्यं भूत्वा भक्ति इति अस्ति केचनाः तु परस्मैपदिनः सन्ति आत्मनेपदिनः कथं जानीमः धातुः आत्मनेपदि वा परस्मैपदि वा नो चेत् उभयपदि वा इति तत् तस्मिन् विषये अपि व्याकरणशास्त्रे पाणिनिः लिखितवान् तदपि वयम् अग्रे अन्येषु वर्गेषु पश्यामः अधुना केवलम् एतदेव अस्ति यदि विकरणप्रत्ययः नास्ति लोपः अभवत् चेत् तत्तु अदादिगणः इति मन्तव्यम्
वच् इति धातु वक्ति इति परिवर्तनम्
आं भगिनि कथं भवति हल्सन्धिकार्याणि हल्सन्धिकार्याणि सन्ति
हल्सन्धि
तदपि पश्यामः
प्लस्
तदपि अग्रे पश्यामः चोः कुः इति सूत्रमस्ति तदागत्य कार्यं
धन्यवादः
हल्सन्धिकार्याणि विस्तृतरूपेण प्रायः पञ्चवर्गाः वा षड्वर्गाः वर्गाः वा भवन्ति हल्सन्धिकानि विस्तृतरूपेण पश्यामः अधिकं नास्ति किन्तु अभ्यासः अपि भवति सर्वेषु वर्गेषु अस्माकम् अभ्यासः भवति तर्हि अग्रिमवर्गात् आगमनात् पूर्वम् एकवारं दृष्ट्वा आगच्छन्तु अभ्यासमस्ति चेत् कृपया कुर्वन्तु वर्गे अन्य नूतनः आगतवान् किं यः नाम न उक्तवान् ज्ञानेश्वरमहोदय नमस्ते नमस्ते महोदय भवान् बुधवासरस्य वर्गम् आगतवान् किम् अस्तु महोदय भवतः ईपत्रसङ्केतं मम समीपे नास्ति ये गणे न सन्ति ते कृपया माम् ईपत्रं प्रेषयतु यदि गणे नास्ति चेत् अहं महोदयं स्वरूप महोदयं वदामि योजयितुम् अनन्तरं महोदय अस्ति वा अस्ति किन्तु मम समीपे नास्ति किञ्चित् मां सूचनां ददाति चेत् मां प्रेषयति किल अन्य अस्ति अन्य कोऽपि अस्ति किल यः नाम न उक्तवान् किमर्थं नाम पृच्छामि चेत् किञ्चित् आवलिं भवति मम समीपे तर्हि तदनुसृत्य सर्वेषां नाम अपि अहं द्रष्टुम् आह्वयितुं शक्नोमि आह्वातुं शक्नोमि अग्रे शशिकिरण महोदय पठितवान् किम्
आं भगिनि अहं पठितवान्
अस्तु महोदय धन्यवादः जगन्नाथ महोदय पठति किम्
आम् जुहोत्यादि तृतीयगणः. एकनिमिष एकनिमिष अस्तु इदानीं प्रायः सम्यक् श्रूयते इति मन्ये. ज्योत्यादि तृतीयगणः हु इत्यादयः धातवः जुहोति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः नास्ति. शप्लु लोपः इव. लक्षणं धातुः धातोः द्वित्वम्. उदाहरणं दा ददाति, धा दधाति, भि बिभेति, हा जहाति इति. अत्र अत्रापि सप् विकरणप्रत्ययः आयाति, किन्तु तस्य कार्यं न सामान्यतया न दृश्यते. किमर्थमित्युक्ते श्लुः इति शप् इति श्लुः भवति, तस्मात् तस्य लोपः जायते. अस्मिन् गणे सर्वेषां धातोः कृते द्वित्वं भवति.
उदाहरणं
ओ जुहोत्यादि हु इति जुहोत्यादि हु इति धातुः अस्ति. तस्य क्रियापदं प्रथमपुरुषे जुहोति इति भवति. हु इति धातोः द्वित्वं भूत्वा अन्यत् किमपि कार्यं भूत्वा जुहो इति जुः इति भवति. तस्मात् गुणकार्यं भूत्वा जुहोति इति भवति.
सत्यं महोदय, धन्यवादः महोदय. तर्हि अत्र जुहोत्यादिगणे अपि शपः लोपः भवति, किन्तु श्लू इति वगामः लुक् अदादिगणे तु शपः लुक् अभवत्. तदेव उक्तवान् महोदय, भवान् समीचीनतया उक्तवान्. अत्र तु शपः श्लू इति वदामः. किमर्थं श्लू इति वदामः चेत् धातोः श्लू इति भवनेन एव धातोः द्वित्वं भवति. यत्र यथा यत्र प्रत्ययस्य श्लू भवति तत्र धातोः द्वित्वं भवति, द्वित्वकार्यं भवति. सर्वत्र अपि धातुः द्वित्वं भवति. अत्र तु धा इति धातुः प्रथमं तु दादा इति अस्ति, दादा अनन्तरं ति इति, तदनन्तरम् अन्यत् कार्यं भूत्वा ददाति इति उक्तम्. समानमस्ति धा धातुः अपि, धा धा कि इति अस्ति आदौ प्रथमसोपाने, अनन्तरं ददाति इति रूपं. भि धातुः भि युघति इति रूपम् आदौ प्रथमसोपाने, अनन्तरं भिदेति इति रूपं भवति. हा धातोः अपि तथैव हा हा ति जहाति इति रूपम्. अत्र तु हु धातोः अपि समानं हू हु ति जुहोति इति रूपम् आयाति. अत्र प्रष्टुं शक्यते किमर्थं पाणिनिः हुवादिगणः इति किमर्थं नाम किमर्थं न स्थापितवान्, किमर्थं जुहोत्यादि इति क्रियापदरूपं स्वीकृत्य किमर्थं धातोः गणस्य नाम किमर्थं कृतवान् इति प्रष्टुं शक्यते. तस्य उत्तरम् एवं वदन्ति जनाः अवैयाकरणाः, किमित्युक्ते तत्र धातोः द्वित्वं भवति अत्र अस्मिन् गणे इति सूचयितुमेव पृथक्तया जुहोति इति तत्र क्रियापदं स्वीकृत्य नाम रचितवान्. तर्हि जुहोत्यादिगणे शप् इति विक्रमप्रत्ययः न आयाति. यथा अहं पूर्वम् उक्तवती, शप् इति विक्रमप्रत्ययः सर्वेषु गणेषु आयाति, अनन्तरमेव तद् प्रभाति अन्ये कार्याणि भवन्ति, सर्वत्र वृष्टिः पतति इति कृत्वा. अनन्तरं श्लू यदा भवति तस्मिन् समये धातोः द्वित्वमपि भवति. सरलमस्ति, वादिगणे शप् इति एव विकरणप्रत्ययः अ इति तिष्ठति. अदादिगणे गणे किं भवति, लुक् भवति, लोपः भवति, विकरणप्रत्ययः एव न दृश्यते, अन्यत् लक्षणमपि नास्ति, तदेव लक्षणमस्ति यत्र विकरणप्रत्ययः न भवति इति. जुहोत्यादिगणे विकरणप्रत्ययः नास्ति, किन्तु धातोः द्वित्वं भवति इति विशेषलक्षणम् अस्ति एतस्य गणस्य.
एकः प्रश्नः, शपः इत्युक्ते का विभक्तिः?
शप् इति हलन्तरूपम् इति चिन्तयतु. हलन्तरूपस्य षष्टिविभक्ति शपः इति.
अहं चिन्तितवान् किन्तु अहं पकार शब्दस्य हलन्तरूपं न जानामि, तस्मादेव
प्रश्नः. तत्र तु हलन्तदातुमपि यत्किमपि वर्णः
दा इति तृतीयवर्ण चतुर्थवर्णं द्वितं भवति धा तृतीयवर्णं आगच्छति खलु.
आं भगिनि, तत्र तु भिन्नकार्यमस्ति भगिनि, भिन्नसूत्रम् आयाति. तर्हि प्रथमसोपाने तु धाधा इति एव, अनन्तरं यत् उपदा यत् आदौ यत् अस्ति तस्य तु भिन्नकार्यं
परिवर्तनं भवति. धन्यवादः.
धन्यवादः. जयन्तमहोदय पठति किल प्रश्नः अस्ति चेत् कृपया पृच्छन्तु, वयं सर्वे छात्राः एव सन्ति, सङ्कोचः मास्तु. ममपि अभ्यासः अस्ति इति उक्तवती खलु. जयन्त महोदय, अस्तु महोदय, अस्ति राघव महोदय पठति. ज्ञानेश्वर महोदय पठतु.
इत्यादीनि क्रियापदानि करणप्रत्ययः ह्यम् परिवर्तनं परिवर्तनानुसारं या भवति. उदाहरणं नश् नश्यति, नृत् नृत्यति, उप् उप्यति, कृत् कृभ्यते, तुष् तुष्यति, मन् मन्यते, विद्यते. अत्र यकारः
धन्यवादः महोदय. भवतः सञ्चयः ध्वनिः श्रूयते महोदय, हेड्सेट् क्रीणातु, न जाने उक्तवती वा इति, वयर्ड् हेड्सेट् क्रीणातु. धन्यवादः. तर्हि दिवालिगणे प्रत्ययतः प्रथमं तु प्रथमं शप् इति एव आयाति, यतः अहम् उक्तवती सर्व सर्वेषु गणेषु शप् इति एव आयाति. अनन्तरं तद् प्रबाद्य पाणिनिः उक्तवान् यदि द्विवादिगणीयधातवः सन्ति चेत् शप् प्रबाद्य ष्यन् इति विकरणप्रत्ययः भवतु इति, तर्हि य इति आयाति विकरणप्रत्ययः. य इति विकरणप्रत्ययः इति चेत् किमर्थं पाणिनिः पूर्वमेव किमर्थं य इति विकरणप्रत्ययः इति किमर्थं न उक्तवान्, किमर्थं ष्यन् इति तस्य नामकरणम् इति पृच्छामः चेत् तस्य अन्यकार्यम् अस्ति, तदा वयम् अग्रे गत्वा पठामः. तर्हि यत्र य इति श्रूयते मध्ये नश्यति, नृत्यति, उच्यति, कृद्यति, पुष्यति, मन्यते, विद्यते, तत्तु य इति श्रूयते, तत् तत्तु दिवादिगणे अस्ति. अत्र पश्यति चेत्
एकनिमिषः भगिनि, अत्रापि शप् एव श्यन् इति भवति वा?
प्रथमं शप् आयाति, सर्वेषु गणेषु शप् इति एव आयाति. अनन्तरं पाणिनिः किम् उक्तवान्, यदि विवादिगणे प्रथमं पाणिनिः भवति सर्वत्र शप् भवतु इति उक्तवान्. अनन्तरं किम् उक्तवान्, यदि चिन्तयतु महोदय, अत्र अनेके छात्राः सन्ति, यदि वयम् अधिकतया अहं किमपि वक्तुं शक्नोमि तर्हि अहं नाम न उक्तस्य वर्णः सर्वे एतत् कार्यं कुर्वन्तु इति अहं वदामि. सर्वेषां कृते तदेव गृहपाठः भवति. अनन्तरं किं वदामि, अहं जानामि जगन्नाथ महोदय प्रगतवर्गे अस्ति इति कृत्वा प्रायः भिन्न अभ्यासं दातुम् इच्छामि. तस्मिन् समये अहं किं वदामि, सर्वे एतत् कुर्वन्तु इति प्रथमं वदामि. अनन्तरं किं वदामि, जगन्नाथ महोदय भोः भवान् अन्यत् कार्यं करोतु इति पृथक्तया वदामि अहं. तर्हि सर्वत्र आदौ शक् भवति, अनन्तरं पृथक्तया विवादिगणे शन् इति विकरणप्रत्ययः आयाति. पृथक्तया पाणिनिः उक्तवान् दिवादिगणस्य कृते शन् इति शन् इति विकरणप्रत्ययः. अस्तु, अत्र प्रश्नः अस्ति. प्रश्नः
महोदय, दिव् प्लस् य दीव्यति खलु, दीव्यति किमर्थं
दीर्घमिति अन्यत् कार्यम् अत्र
अत्रापि अन्यत्
हलिच इति किम् अन्यत् सूत्रमस्ति आं भगिनि, हलिचेन कार्येण अत्र किञ्चित् वयं पश्यामः चेत् द्वादिगणे जि इति दातुः अस्ति. तत्रापि यदि आदौ पश्यामः चेत् प्रथमदृष्ट्या पश्यामः ते जयति इति रूपं मध्ये यकारः श्रूयते, किन्तु सः यकारः भिन्न यकारः अस्ति इति अवगन्तव्यम्. आदौ जि इति आसीत्, अनन्तरं तस्य गुणं भूत्वा जे इति अभवत्, जे भूत्वा अनन्तरम् अय् आदेशः भवति यान्तवान्तसन्धिः कारणात्. जि इति धातुः इति मन्त इति प्रथमम् अवगन्तव्यं. जि इति धातुः इति कृत्वा एव जयति इति रूपम् आगतम्. अत्र तु नश्यति साक्षात् नश् धातुः अस्ति, किमपि कार्यं न भवति, केवलं य आगत्य नश्यति इति रूपम् त्रिवादिगणे. तर्हि अत्र भ्रमः मातु, जि इति जयति भिन्नधातुः अस्ति, ज इति धातुः नास्ति, अत्र तु जि इति धातुः अस्ति, तेन कारणेन एव जयति इति अभवत्. अत्र तु नश्यति साक्षात् नश्यति धातुः, तत्र य इति आगत्य नश्यति इति रूपम्. दिव् अपि तथा एव, दिव् अस्ति, य ति दीर्यति इति किञ्चित् वर्ण उपदायं वर्णपरिवर्तनम् अभवत्.
आम् भगिनि, पुरा अहं म्यूट् मध्ये आसन्. पञ्चमगणः स्वादिः, पञ्चमगणः सु इत्यादयः धातवः सुनोति इत्यादीनि क्रियापदानि भवन्ति. अत्र तु विकरणप्रत्ययः श्नु, तत् गुणं भूत्वा तस्य प्रथमम् इत् संज्ञायाः लोपं भूत्वा श्नु भवति श्नु नु, तस्य अनन्तरं गुणं भूत्वा नो भवति. उदाहरणार्थम् आप् इति यदि वयं धातुं स्वीकुर्मः, तत्र आप् योगः नु भवति प्रथमे, तत् आप्नो, तदनन्तरं तिङ् प्रत्ययः आत्वा आप्नोति इति भवति. चि भवति चिनोति, तदेव मार्गया. शक् भवति शक्नोति, धू भवति धुनोति धूनोति.
आं महोदय, तर्हि अत्र तु विकरणप्रत्ययः स्वादिगणे श्नु इति विकरणप्रत्ययः, नु इति साक्षात् नु इति प्रत्ययः तिष्ठति. अनन्तरम् अन्यत् कार्यं भूत्वा गुणकार्यमेव भूत्वा भिन्न भिन्न भिन्नकार्यं गुण एतस्य गुणकार्यं भूत्वा तत्तु अग्रे पश्यामः किमर्थं विकरणप्रत्ययस्य गुणः किमर्थं भवति इति अग्रे पश्यामः. नो इति भूत्वा किन्तु श्रवणेन किं श्रूयते, नो इति मध्ये श्रुणुमः. अत्र धातोः भागः नास्ति नकारः, विकरणप्रत्ययस्य भागः इति अत्र नकारः, किन्तु अन्यत् अस्ति, सन्नधातुः अस्ति, सनोति इति धातुः, सन्नधातुः तनोति, तत् तद् धनादिगणे आयाति. तत्र तु नकारः धातोः एव भागः अस्ति, अत्र धातोः भागः नास्ति नकारः. धातुः तु केवलम् आप् इति अस्ति, किन्तु विकरणप्रत्ययस्य कारणेन एव तत्र नकारः आयाति. आप्नोति, चिचिनोति, शक् शक्नोति, शुश्नोति, धुनोति इति कृपाणि.
भगिनी, एकः प्रश्नः, यदि वयं नुमागमः इति वदामि चेत् एतत् कार्यमेव वा एतत्तु भिन्नं कार्यम्?
तद् भिन्नमस्ति महोदय, एतत् नुमागमः नास्ति, श्नु इति विकरणप्रत्ययः आयाति इति. तत्र नुमागमः इति यत्र पश्यामः तत्र तु केवलं नकारः आयाति, कुत्रचित् आपतति. अत्र तु किन्तु वर्णसमूहः आयाति नु इति नुमागमनाति. धन्यवादः महोदय. रविमहोदय पठति किम् अग्रे?
आम् अनिल् षट् तुदादिः षष्ठकगणः तुद् इत्यादयः धातवः तुदति इत्यादीनि क्रियापदानि विकरणप्रत्ययः ष आ भवति. उदाहरणं मिल् मिलति, लिक् लिखति, क्षिप् क्षिपति, कृष् कृषति. तत्र क्लेशः नास्ति, अप्रत्ययविकरणप्रत्यय एव धातुः योगः अप्रत्यय योग तिङ् प्रत्ययः भवति मिलति एव.
आं महोदय. हा तावदेव सत्यं महोदय. धन्यवादः महोदय. किन्तु प्रश्नः उदेति अत्र, अत्रापि पाणिनिः किम् उक्तवान्? प्रथमं षत् इति उक्तवान्, अनन्तरं किम् उक्तवान् तुदादिगणे चेत् ष इति भवतु, शत्र नास्ति ष इति उक्तवान्. तर्हि ष इति विकरणप्रत्यये तस्य अपि अन्तिमरूपं तु आ इति एव अस्ति. तर्हि कथं जानीमः एतद् द्वादिगणीयः वा नो चेत् तुदादिगणीयः वा इति? किमर्थमित्युक्ते मिल् मिलति अ इति मध्ये श्रूयते, लिक् लिखति मध्ये तु अ इति श्रूयते, चलति तदपि अस्ति अ इत्येव श्रूयते. तर्हि कथं जानीमः एतत् तुदादिगणे वा भुवादिगणे वा प्रश्नः चेत्, किमित्युक्ते अत्र तुदादिगणे गुणकार्यं न भवति, धातोः भागस्य गुणकार्यं न भवति. मिलति न अस्ति धातुः, मेलति इति रूपं नास्ति, मिलति इत्येव रूपं. लिक् धातुः लेखति इति न भवति, लिखति इत्येव रूपं. कृष् इति धातुः कर्षति इति नास्ति, एतत्तु कृषधातुः अस्ति, तुदादिगणीय कृषधातोः रूपम् अस्ति कृषति इति, गुणकार्यं न भवति, कर्षति इति न भवति. अन्यत्र धातुः अस्ति इति मन्ये द्वादिगणे, कृष्यति एव धातुः, तस्य गुणं भूत्वा कर्षति इति भवति. एतत्तु कृष्यति धातुः, तुदादिगणीयधातुः कृषति इति भवति. कदाचित् एकमेव धातुः रूपं प्रायः समानं स्यात्, किन्तु भिन्नगणेषु अपि भवन्ति. अत्र किम् इत्युक्ते तर्हि गुणकार्यं न भवति. किमर्थम् इति पृच्छामः चेत् शप् इति अस्ति खलु, तत्र तु श इति यत्र यत्र श आयाति तत्र तत्र शकारः, सः शकारः गुणं प्रेरयति, गुणस्य कार्यं भवतु इति करोति. किन्तु पकारः अस्ति चेदेव गुणकार्यं भवति, पकारस्य अभावः गुणकार्यं बाधयति. अत्र शप् इति द्वादिगणं पश्यामः चेत् पकारः अस्ति, शकारः अस्ति, गुणकार्यं यत् गुणकार्यं प्रेरयति, अनन्तरं पकारः अपि अस्ति यद् गुणस्य सङ्गच्छति गुणस्य कृते. किन्तु सुदादिगणे पश्यामः चेत् शकारः अस्ति, गुणं निश्चयेन प्रेरयति, किन्तु पकारस्य अभावः अस्ति, पकारः नास्ति, तर्हि गुणस्य बाधा भवति, गुणस्य बाधा भूत्वा गुणकार्यं न भवति सुदादिगणे. तर्हि वयं ज्ञातुं शक्नुमः यत्र गुणकार्यं नास्ति चेत् यद्यपि अकारः एव श्रूयते मध्ये, तथापि गुणकार्यं न अभवत् चेत् वयं ज्ञातुं शक्नुमः एतत्तु तुदादिगणीयधातुः इति. केवलम् एकः कुत्रचित् संशयः भवति, उदाहरणार्थं चलति इति धातुः, तत्र तु उपर अकारः अस्ति, छल् इति धातुः अस्ति, गुणकार्यं किमपि न अवगन्तुं शक्नुमः दृष्ट्वा. किन्तु अधिकतया यत्र उपद अकारः वा आकारः वा अस्ति तादृशदातवः द्वादिगणे एव आपतन्ति. परिचितदातवः तु द्वादिगणे एव सन्ति. किमर्थम् इत्युक्ते द्वादिगणे 50% आफ् दि दातवः अर्धभागः अस्ति, अर्धभागस्य दातवः तु द्वादिगणे आपतन्ति. सुदादिगणे तु केवलं उपसहस्रं द्वादिगणे सन्ति, सुदादिगणे केवलं पञ्चाशत् अधिकशतं दातवः एव सन्ति. तर्हि केचनाः एव सन्ति यत्र उपदायाम् अकारः आयाति, किञ्चित् भ्रमः भवति तादृशधातूनां कृते. परिचितधातुः तु चल् धातुः अस्ति, तत्तु वयं जानीमः तद् सः धातुः तुदादिगणे इति.
भगिनी अत्र एकः प्रश्नः अस्ति, भवती उक्तवती कृष् इति धातुः तुदादिगणे अपि अस्ति, अनन्तरं भ्वादिगणे अपि अस्ति इति खलु?
हा इति मन्ये. आं महोदय.
आम् तदा अर्थस्य भेदः भवति वा अथवा तदेव अर्थः आयाति वा?
अहम् अत्र जालपटे पश्यामि, कृष्यति भ्वादिगण्यधातूनाम् अर्थभेदः अस्ति. विलेखने इति अर्थः अस्ति, एतत्तु कृष्यति अस्य षष्ठग समानार्थः अस्ति महोदय. तथापि रूपद्वयं भवति इति भिन्नगणेषु वर्तन्ते.
अस्तु, भिन्नरीत्या भिन्नरीत्या अस्ति परन्तु अर्थः तु समानमेव इति.
भिन्नधातुः अस्ति, भिन्नधातु स्तः, किन्तु अर्थसमानम् अर्थः समानः अस्ति.
अस्तु अस्तु, धन्यवादः.
धन्यवादः. तर्हि
भगिनि एकः प्रश्नः अस्ति. ऐ एम् गोण्ट् टु आस्क् यु इन् इङ्ग्लिश्, ऐ एम् नाट् टु फ्लुएण्ट् वित्. ओके, इन् थर्ड् गण जुहोत्यादिगणे जुहोति द्वित्वं इस् देर्. हौ डस् दट् हू बिकम् हो देर्? द शप् इस् श्लू, सो द पकार गोस् अवे, रैट्? देर् इस् नो मोर् पकार इन् श्लू. How does who become ho there? Juhoti.
That is because of it, ting pratyaya. Ting pratyaya se karane. Aduna shabdi. Vikarna pratyaya naasi. Kin tarhi gunakarya vikarna pratyaya nimittikam gunakaryam na bhavati. Kintu ting pratyaya se nimittikam gunakaryam bhavitum rahati.
Oh, okay. Okay, thank you.
Atadadi.
Dhanyavada.
Dhanyavada. Etavat paryantam prashna asti ke? किन्तु अन्यदपि प्रश्नः प्रष्टुं शक्यते अस्माभिः. किम् इत्युक्ते चलति, किमर्थं द्वादिगणे न स्यात्, किमर्थं पाणिनिः तुदादिगणे स्थापितवान् इति खलु, तत्तु प्रष्टुं शक्यते खलु. चलति इत्येव अस्ति, किमर्थं तत्र तु गुणकार्यमपि नास्ति. यत्र यत्र गुणकार्यं भवति तत्र पाणिनिः द्वादिगणे स्थापितवान्, यत्र गुणकार्यं न भवति उदाहरणार्थं मिलति तत्तु तुदादिगणे स्थापितवान्. किन्तु चलति इत्यस्य तु गुणकार्ये प्रसक्तिः एव नास्ति, कार्यमेव न आवश्यकं. तर्हि किमर्थं तद् तुदादिगणे स्थापितवान् न तु द्वादिगणे इति प्रष्टुं शक्नोति? तस्य अर्थं तस्य उत्तरम् अस्ति किमित्युक्ते द्वादिगणीयधातूनां यदि स्त्रीलिङ्गरूपं पश्यामः चेत्, छत्रन्तरूपं पश्यामः चेत् तत्तु किं वदामि अहं खादन्ति लिखामि, पठन्ति गच्छामि, पठन्ति इति शत्रन्तरूपं स्त्रीलिङ्गशत्रन्तरूपं. क्रीडन्ति खादामि, वदन्ति दूरदर्शनं पश्यामि इति किन्ति इति दुमागमः भवति. इन् इति अस्ति खलु मध्ये, खादन्ति पठन्ति इति निश्चयेन अनुवागमः भवति, नकारः तत्र मध्ये भवति एव. किन्तु तुदादिगणे पश्यामः चेत् तस्य रूपद्वयं वैकल्पिकं भवति, शत्रन्त स्त्रीलिङ्गे शत्रन्तरूपे अनुवागमः वैकल्पिकं भवति, रूपद्वयं भवति तुदादिगणे. चलन्ति इति एकं रूपम्, अन्यत् रूपमस्ति चलति इति. तर्हि तदर्थमेव पाणिनिः चलति छल् इति धातुः तुदादिगणे स्थापितवान्. मिलति इत्यस्य रूपं मिलन्ति इति एकं रूपं भवति, अन्यत् रूपमस्ति मिलति इति अपि भवति, मिलति इति. लिखन्ति पठामि, लिखति पठामि इति अपि मया वक्तुं शक्यते. तर्हि तुदादिगणे स्थापनाय कार्यद्वयं भवति, एकमस्ति गुणकार्यं यत्र यत्र न भवति तादृशदातारः तुदादिगणे स्थापितवान्. अनन्तरं यदि शत्रन्तप्रातिपदिके यदि स्त्रीलिङ्गे नुमागमः वैकल्पिकः भवति चेत् तदपि तुदादिगणे स्थापितवान्. अस्तु, कार्यद्वयम् एतद् एषः एव विषयः, अग्रेपि पुनः प्रायः अग्रिमवर्गद्वयं वयं पश्यामः. तर्हि मनसि सम्यक् निदानं भवति तस्य अग्रे. रमाबाय् भगिनी पठति. रविमहोदय पठितवान् किल
पूर्वं पठितवान्
अस्तु महोदय तर्हि
पुनः
न महोदय प्रायः अग्रे अपि अन्ये अन्ये जनाः सन्ति तेषामपि अवकाशं भवतु इति कृत्वा अनन्तरम् आह्वयामि सङ्गीता भगिनी पठति किल
रुदादि सप्तमगणः रुद् इत्यादयः धातवः रुणद्धि इत्यादीनि क्रियापदानि विकरणप्रत्ययः श्नम् बिकम्स् न उदाहरणं छिद् धातु चिनत्ति थृद् तृणत्ति भिद् विनत्ति भुज् भुजत्ति बुङ्क्ते आर् बुङ्क्ते देन् युज् इस् युनक्ति
विकरणप्रत्ययः
कः इस् इत् लेटर् मकार इस् इत् लेटर् सो इट्स् नकार
नकारः एव अवतिष्ठते तत्तु विकरणप्रत्ययः नकारः इति अत्र किं विषय अत्र यत्र वयम् अद्य नकारः शृणुमः धातोः नकारः नास्ति किन्तु क्रियापदरूपेषु वयं नकारः श्रूयते चेत् तत्तु रुदादिगणे इति वक्तुं शक्यते रुद् इति धातुः रुणद्दि इति रूपं किन्तु अत्र विशेषतया पश्यामः चेत् विकरणप्रत्ययः श्नम् इति विकरणप्रत्ययः मध्ये आयाति धातोः एव साक्षात् मध्ये धातोः एव भागः भूत्वा आयाति रु इद्दिति अस्ति किन्तु नकारः कुत्र आयाति अन्तिमवर्णात् पूर्वम् आयाति दकारः अन्तिमवर्णः अस्ति तस्मात् पूर्वम् आयाति इति न वक्तव्यम् अन्तिम तत् अग्रे पश्यामः मध्ये इति उच्यते अन्तिम अचुवर्णात् अनन्तरम् इति वदामः अन्तिम अचुवर्णः कः इति पश्यन्तु तदनन्तरम् आयाति न इति प्रत्ययः छिद् धातुः अन्तिम अचुवर्णः इकारः अस्ति इकारात् अनन्तरं न इति आयाति वर्णसमूहः तृद् इति अस्ति अन्तिम अचुवर्णः ऋकारः अस्ति ऋकारात् अनन्तरं न इति भवति अनन्तरं नत्वं भूत्वा तृणक्ति दिद् तत् तत्रापि समानकार्यं दिनक्ति भुज् बुनक्ति मुङ्क्ते इति रूपम् अत्र तु उभयपदि धातुः अस्ति इति युज् युनक्ति इति रूपं सरलमस्ति किल अत्र प्रश्नः अस्ति किल रुदादिगणे धातूनां कृते न इति विकरणकृतयः आदौ शक्यते अस्ति तद् प्रभागे अनन्तरं श्नम् इति भूत्वा न इति तिष्ठति न इति विकरणप्रत्ययः रुदादिगणे मध्ये आयाति धातोः एव मध्ये आयाति
इति आयाति
ददाति इति अर्थः तनोति इत्युक्ते ददाति तृणोति इत्युक्ते खादति इति अर्थः अस्ति तदपि खादति इति अर्थः तस्यापि तदादिगणे अस्ति तर्हि अत्र कः अस्ति अत्र तु विकरणप्रत्ययः ऊ इति अस्ति साक्षात् अनन्तरं विकरणस्य विकरणप्रत्ययस्य विकारं भूत्वा गुणकार्यं भूत्वा तत्र ओ इति आयाति तत्र मध्ये ओ इति श्रूयते कृ धातुः ओ इति कृ योगः ओ योगः ति करोति इति तत्रापि ओ इति तृणोति अत्र तु नकारः अत्र कदाचित् अस्मान् भ्रमः जायते स्वादिगणे वा नो चेत् तनादिगणे वा इति किमर्थमित्युक्ते अत्र तृणोति इति आदौ पश्यामः चेत् नो इति श्रूयते मध्ये तर्हि प्रायः स्वादिगणे इति चिन्तयितुं शक्नुमः किन्तु अत्र नकारः धातोः एव भागः अस्ति केवलम् ओ इति एव विकरणप्रत्ययः तर्हि तनादिगणः अस्ति सन् इत्यस्यपि तथा एव नकार अत्र नकारः धातुः एव भागः विकरणप्रत्ययः ओ इति अस्ति अत्र प्रश्नः
तत्र विनोति इति भवति तत्र मध्ये नास्ति इति
भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि पुनः पृच्छति किम्
स्वादिगणे चिनोति इति भवती उदाहरणं दत्तवती किल इदानीम् अनन्तरम् अत्र ओ ओकारस्य ध्वनिः श्रूयते इति उक्तवती इति धातोः मध्ये नकारः धातो इट्स् इन् द धातु इट्स् इति भवती वदति वा इति प्रश्नः
आम् महोदय तदेव आं भगिनि तदेव उक्तवती अत्रापि शृणोति इति श्रूयते चिनोति प्रायः तत्र किञ्चित् भ्रमः जायते कदाचित् किन्तु धातोः रूपं साक्षात् रूपं किम् इति द्रष्टव्यं धातुः कः इति द्रष्टव्यं ची धातुः मो इति विकरणप्रत्ययः भवति तर्हि स्वादिगणीयधातुः अस्ति अत्र तु तृण् धातुः अस्ति धातुः एव भागः अस्ति नकारः तर्हि तृणोति इति रूपं तु ओकारः एव आगतः नूतनतया कः वर्णः आगतः इति पश्यामः चेत् मध्ये ओकारः आगतः तर्हि ओकारः एव विक्रणप्रत्ययः भूत्वा सनादिगणः इति वक्तुं शक्यते भगिनी यत् उक्तवती सत्यमेव तदेव अहं मया
अवगतमया
मांसे भगिनी पृच्छति किम् अग्रे
एकः प्रश्नः अस्ति तनातिगणे ओ क्रु धातु करोति बिकम्स् करोति न क्रु बिकम्स् कर् एण्ड् देन् करोति
आं भगिनि तदेव
सो गुण हेपन्स् वित् ओ आर् बिकास् आफ् द शप्
सर्वत्र तथा न भवति किञ्चित् भिन्नकार्यमस्ति क्रु इति धातुः विशेषधातुः अस्ति कुत्रचित् तादृशविशेषकार्याणि भवन्ति तत् पृथक्तया वयं यदा वयम् एकमेकं धातुगणं स्वीकृत्य कीदृशदात तत्र तु तत्र ये दातवः सन्ति तेषां श्रेणीकरणं पुनः श्रेणीकरणं भवति अनन्तरं तत्रापि अपवादाः सन्ति धातुगणेषु केचन धातूनाम् अपवादः अपवाददातवः सन्ति तान् वयं पृथक्तया स्वीकृत्य वयं विस्तृतरूपेण पश्यामः करपत्रेषु एव सन्ति अत्र
धन्यवादः
भव्या भगिनी प्रश्नः अस्ति महोदय
पृच्छतु महोदय
यदि भगिनी उक्तवती तत्र कृधातोः तत्र आर्धधातुकं प्रत्ययः अस्ति खलु उकारः अतः तत्र गुणं भवति अतः करोति
आर्धधातुक प्रत्ययः इति अहं न श्रूयतां महोदय अधुना वयं तद् सत्यं अधुना तस्मिन् विषये वयं न आर्धकं तर्हि तृणोति इत्यस्य अपि आर्धधातुकप्रत्ययः इति खलु पदयां ऋकारः किमर्थं गुणः न भवति इति प्रष्टुं शक्यते
सार्वधातुक आर्धधातुकयोः गुणः इति अस्ति खलु तत्र उकारस्य गुणः भवति अतः
उकन्तलघुपदस्य च इति अन्यत् सूत्रमस्ति तत्रापि सार्वधातुको आर्धधातुकयोः इति अनुवृत्तिः आयाति यत्र उपादायाम् उकारस्य वा उपादायां गुणः यत्र भवति तत्रापि सार्वधातुक आर्धधातुकयोः इति अनुवृत्तिः आयाति अत्र तु भिन्नकार्यमस्ति कृदतः कृते सर्वत्र तनादिगणे गुणः भवतु इति नास्ति क्रियादिगणे क्षम्यतां तनादिगणीयदातूनां कृदातुः भिन्न अपवादकार्यं विशेषकार्यमस्ति कृदातुः तर्हि अग्रे
आम् नमस्ते भगिनि क्रयादिः नवमगणः क्री इत्यादयः धातवः क्रीणाति इत्यादीनि क्रियापदानि विकरणप्रत्ययः श्न परिवर्तनं न उदाहरणार्थं ग्रह गृह्णाति ज्ञ जानाति अश् अश्नाति खादति वृ वृणाति तब् स्तब् स्तब्नाति बन्त् बध्नाति. अहं किञ्चित् संस्कृतं वक्तुं न शक्नोमि. अहं संस्कृतं किञ्चित् किञ्चित् पठामि. अहं प्रयत्नं करिष्यामि.
शक्यते तत्र संस्कृतेन वदतु, नो चेत् आङ्ग्लभाषा.
अहं शृणोमि. रिव्यू सेशन् इदानीम् आगच्छामि. किञ्चित् प्रश्नः सन्ति, परन्तु इदानीं प्रश्नः सर्वे दे गाट् क्लियर्ड्. ऐ एम् जस्ट् सारी अबौट् दट्. ऐ एम् स्पीकिङ्ग् इन् इङ्ग्लिश्.
प्रश्नः अस्ति चेत् कृपया पृच्छतु.
No, no, it's okay. Aham idanim, I'm okay. Avagashyami. I'm sorry. They're okay. I'm okay about that. I'm trying to follow the class.
उत्तमं भगिनि. भगिनी अत्र पठितवती, सम्यक् पठितवती. तर्हि अत्र तु क्रियादिगणस्तु स्ना इति विकरणप्रत्ययः, ना इति अन्तिमरूपं. तर्हि क्री इति धातुः क्रीणाति इति गणत्वं भवति अत्र.
भगिनि, सूचनार्थं गतबुधवासरे वयम् अष्टमगणपर्यन्तमेव कृतवन्तः. नूतनविषय इति इदानीम् अस्माकं भवति इति पुनस्मरणं न भवति.
आम् महोदय, नास्ति चिन्ता. एषः तु रविवर्गः अस्ति, तर्हि साक्षात् भगिनी यत् पाठितवती तद् मया पाठितुं न शक्यते इति कृत्वा वयं किञ्चित् अग्रे गच्छामः. नास्ति चिन्ता एव. नूतनविषयः अस्ति तर्हि पुनः तत्रापि पठतु. धन्यवादः
महोदय. अहं न पाठयतु इति न उक्तवान्. किञ्चित् अत्र कोऽपि सर्वेषां कृते इति नूतनविषये एव तादृशी किञ्चित् व्यापकरूपेण वक्तव्यम् इति कारणं
तदा करोमि महोदय. समयः अस्ति खलु, इतोपि तदर्थमेव विरमतुं न शक्नोमि. इतोपि अर्धघण्टा अस्ति, तर्हि किञ्चित् अग्रे पश्यामः इति एव मम अस्माकं वर्गे तथा एव भवति. निश्चयेन महोदय, किञ्चित् विस्तृतरूपेण पश्यामः. तर्हि क्रियादिगणे समानकार्यमस्ति. अत्रापि कर्तरे शप् इति पाणिनिः प्रथमम् उक्तवान्, अनन्तरं किम् उक्तवान्? कर्तरे शप् इति प्रभाति शप् इति विकरणप्रत्ययः, प्रभाति श्ना इति विकरणप्रत्ययः. श्ना इति साक्षात् मूलरूपं श्ना इति अस्ति, अनन्तरं तस्य परिवर्तनं भूत्वा ना इति अन्ते तिष्ठति. तर्हि क्री इति धातोः क्रीयोगः नायोगः ति क्रीणाति इति, ग्रह्योगः नायोगः ति गृह्णाति इति भवति. अत्र किमित्युक्ते कुत्रचित् धातूनां सम्प्रसारणकार्यम् इति वदामः. सम्प्रसारणकार्यम् इत्युक्ते यत्र रेपस्य ऋकारः भवति, अनन्तरम् एकारस्य इकारः भवति, यकारस्य इकारः भवति, वकारस्य उकारः भवति. वयं यण्सन्धिः जानीमः, इकारस्य एकारः भवति यण्सन्धिः विषये, अनन्तरम् उकारस्य वकारः भवति यण्सन्धिः विषये, अनन्तरं ऋकारस्य रेपः भवति यण्सन्धिकार्यं. किन्तु अत्र यण्सन्धेः विपरीतकार्यं भवति, रेपस्य स्थाने ऋकारः आयाति, तस्य तु सम्प्रसारणकार्यम् इति वदामः. तर्हि कुत्रचित् धातोः केचन धातूनां सम्प्रसारणकार्यं कार्यं भवति. तर्हि अत्रापि ग्रह् धातुः, अनन्तरं पृच्छति अपि धातुः अस्ति, तस्य सम्प्रसारणं भूत्वा एव पृच्छति इति अस्ति. तदा एव ग्रह् इति धातुः, तस्य सम्प्रसारणं भूत्वा गृह्णाति इति, गृह्णाति गृह्णाति इति. न्या इति धातुः अस्ति अत्र, अनन्तरमपि सर्वेषां धातुगणानामपि कुत्रचित् धातु आदेशः इति वदामः. प्रथमं धातुः पाणिनिः एकं धातुः निर्दिष्टवान्, अनन्तरं धातु आदेशः भवन्ति. उदाहरणार्थं ज्ञा इति धातुः अस्ति, अनन्तरं तस्य धातु आदेशः भूत्वा ज्ञा इति स्थाने पाणिनिः किम् उक्तवती? ज्ञा इति स्थाने झा इति सूचितवान्. तर्हि जानाति जानाति इति रूपं वयं सुप्रसिद्धधातुः अस्ति, अनन्तरं पा इति धातुः पिबति इति, तत्र तु पा इति धातोः स्थाने पिब इति निर्दिष्टवान्, पिबति, तर्हि पिब् अति पिबति इति रूपं भवति. अत्र अनन्तरमस्ति अश् इति धातुः, अश्नाति. वृ इति धातुः वृणाति. स्तब् इति धातुः स्तब्नाति. बन्द् इति अस्ति. अत्र किम् अभवत् इत्युक्ते न इति योजितवन्तः, किन्तु उपायमस्ति नकारः अस्ति, तस्य तु लोपः भवत् बध्नाति इति रूपम्. किमर्थं तादृशकार्याणि भवन्ति इति अग्रे पश्यामः. एतावत्पर्यन्तं प्रश्नः अस्ति किम्? वेङ्कटेशमहोदय पठति.
पठामि महोदय. चुरादिगणः, चुरादिः दशमगणः, चै इत्यादस्य धातवः, चोरयति इत्यादीनि क्रियापदानि, स्वार्थे अणिच् प्रत्ययः, तदा विकर्णप्रत्ययः शप् आ, अतः आहत्य अय. उदाहरणं क्षल क्षालयति, प्रेष प्रेषयति, पथ पथयति, गण गणयति, चिन्त चिन्तयति, भक्ष भक्षयति.
धन्यवादः महोदय. अत्र किमित्युक्ते क्षल् इत्येव उच्चारयामः, किमर्थम् अत्र अकारः नास्ति खलु, क्षल् इति प्रेष् कत् गण् चिन्त् भक्ष इति उच्चारयामः, तदेव अकारं न उच्चारयामः, नो चेत् भ्रमः जायते जनानाम्. प्रायः साक्षात् मूलरूपं क्षल इति स्यात्, अहं न जाने अत्र न मूलरूपम् अहं सर्वेषां दातुं न जानामि. अस्तु, तर्हि अत्र चुरादिगणीयधातूनां कृते पश्यामः चेत् अत्रापि कर्तरि शप् इति एव विकरणप्रत्ययः. तर्हि चुर् योगः सयोगः सि इति स्थितौ अत्र चोरति इति रूपं न भवति, चोरयति इति रूपम्. मध्ये पश्यामः चेत् अय इति श्रूयते. तद् किमर्थम् इत्युक्ते अत्र निच् प्रत्ययः आदौ आयाति चुरादिगणीयधातूनां. चुरादिगणीयधातूनाम् आदविकरणप्रत्ययस्य आगमनादेव पूर्वं निच् प्रत्ययः इति एकः प्रत्ययः अस्ति, निच् प्रत्ययः आयाति. निच् इति प्रत्ययः अन्यत्रापि आयाति, यत् उदाहरणार्थं चलति, तस्य प्रेरणातिरूपम् अस्ति चालयति इति, अनन्तरं पठति पाठयति, मध्ये अय इति श्रूयते खलु, पाठयति, शृणोति, श्रावयति, प्रेरणार्थे तदस्ति निच्छति. अत्र तु चुरादिगणे धातुः स्वार्थे अस्ति, स्वयं चोरयति इत्युक्ते अन्यान् चोरयति प्रेरयति इति अर्थः इति न स्यात्. स्वयं चोरयति इति, स्वयं कार्यं करोति, चोरणमिति वा इति किं वदामः, स्वयं स्टील् करोति इति कृत्वा चोरयति इति रूपं,
स्वयम् अपहरति.
हा, अपहरति, सां सत्यं, धन्यवादः महोदय. तर्हि स्वार्थे निच् इति प्रत्ययः विधीयते. निश्चिति प्रत्ययस्य अन्तिमरूपम् इति, निश्चिति प्रत्ययः साक्षात् मूलरूपम् अस्ति, अन्ते तु इ इति प्रत्ययः एव अवशिष्यते. तर्हि चुर् इति प्रथमबा सोपानं किम् इति पश्यामः चेत् चुर् योगः इ इति, निच् प्रत्ययः इ इति अवशिष्यते. तस्य तु चोरि इति नूतनधातुः निर्माणं कुर्मः. चोरि इति नूतनधातुः अस्ति. अनन्तरं चोरि अनन्तरं शप् इति आयाति चुरादिगणीयधातूनां कृते. सर्वत्र शप् इति वदति खलु, तर्हि अत्रापि सर्वत्र शप् इति विकरणप्रत्ययः आयाति भूत्वा चोरि योगः अयोगः सि. अत्र चोरे इति गुणकार्यं भवति, इकारान्तधातूनां यत् वयं दृष्टवन्तः तथा एव अस्ति. चोरे इति भवति प्रथमं गुणकार्यं भूत्वा, अनन्तरं किमस्ति चोरे प्लस् अ योगः अ ज्ञातवान् प्रादेशसन्धिं भूत्वा चोरय इति भवति, चोरयति.
भगिनि क्षम्यतां, भवती सम्पूर्णं करोतु.
न पृच्छतु महोदय.
एकः प्रश्नः, यदि एतस्मिन् गणे स्वार्थे निच् प्रत्ययः भवति, तर्हि प्रेरणार्थे कथं भवति यदि वयं
तत्र किम् अस्ति चेत् प्रेरणार्थे पुनः निच् आयाति, प्रेरणार्थे निच्छपि आयाति. तर्हि किन्तु किं वदति अन्यत् सूत्रमस्ति नेरमिति इति एकं सूत्रमस्ति, तेन कार्येण एकं निच् द्वितीयनिश्चित् आयाति, तस्य लोपः भवति. लोपः भूत्वा अन्तिमरूपं तु समानमस्ति, चोरयति इति श्रवणेन वयं न ज्ञातुं शक्नुमः. एतत्तु प्रेरणार्थे निच्छति स्वार्थे निच्छति इति वयं न ज्ञातुं शक्नुमः. चोरयति किन्तु किन्तु पूर्णवाक्यं श्रुत्वा एव अस्माभिः ज्ञातुं शक्यते यदि एतद् स्वार्थे निच्छति वा नो चेत्
यदि मम उद्देशम् अस्ति.
विजय भगिनि एकः ध्वनिः अस्ति.
यदि मम उद्देशमस्ति प्रेरणार्थकस्य द्योतकं वा, मम उद्देशमस्ति स्वार्थस्य द्योतकं, तर्हि मम कोऽपि आप्षन् नास्ति, आप्षन् नास्ति किल?
पूर्णवाक्यं श्रुत्वा एव वक्तुं शक्यते. किम् अस्ति, सः बालकेन चोरयति इति.
साधु,
तर्हि वयं ज्ञातुं शक्यते प्रेरणार्थे अस्ति वा.
भगिनी प्रश्नः अस्ति अत्र, चूर्धातुः चूरादिगणे अस्ति वा?
आम् महोदय, ततः एव नाम अभवत् चूरादिगणे, चूरादिगणः इति.
एकः प्रश्नः अस्ति अम्मा, शल् शल् धातु बिकेम् क्षालयति न, दट् वृद्धि, इट् वृद्धि टेक्स् प्लेस् बिकास् आफ़् द निट्.
मम प्रश्नमपि शल् धातु इति क्षालनं करोति इति क्षालयति, क्षालनं कारयति अपि क्षालयति अस्ति वा?
सत्यं भगिनि.
अत्र
किं प्रेरणार्थे स्वार्थे निच् केवलं चुरादिगणे एव आगच्छति, किन्तु प्रेरणार्थे निच्छत्र आयाति, तत्तु गणभेदः नास्ति. अत्र पट्टिति भुवादिगणीयधातुः, तस्य तत्र प्रेरणार्थे निच् प्रेरणार्थरूपं भवति पाठयति इति, तत्र तु गणभेदः नास्ति यदि प्रेरणार्थे अस्ति चेत्. किन्तु स्वार्थे यत्र निच्छायते इत्युक्ते चुरादिगणे एव.
धन्यास्मि भगिनि, धन्यास्मि.
फोर्थ गण रैट,
पाठयति इति रूपं तत्तु प्रेरणार्थकरूपमस्ति. देर् द निच् वाट् एवर् केम् इन् प्रथमं तु वाट् हेपन्स् पट् धातुः, अनन्तरं निच् प्रत्ययः इति पटि पाटि इति रूपं भवति, तस्य तु पाटि इति रूपं, पाटि प्लस् शप् विकलनप्रत्ययः प्लस् टि, तर्हि पाठयति इति रूपम् आयाति. तत्र देर् इस् नो निच् प्रत्ययस्य पट्टिति द्वादिगणीयधातुः अस्ति, किमर्थं निच् प्रत्ययः आयाति? प्रेरणार्थे निच् अस्ति, तत्र धातुगणाः न भवन्ति प्रेरणार्थकरूपे क्रियापदनिर्माणे, गणाः न भवन्ति. अत्र स्वार्थे चुरादिगणे एव निच् प्रत्ययः आयाति. निच् ओन्लि कम्स् इन् स्वार्थे, स्वार्थे कान्टेक्स्ट् आफ़् स्वार्थे इस् फोर् वन् सेल्फ्. लैक् वेन् यु स्टडि, यु स्टडि फोर् वन् सेल्फ् रैट्, अण्ड् वेन् यु टीच् यु डूयिङ्ग् इट् इस् बीङ्ग् डन् बै सम्बडि एल्स्, यु आर् प्रेरयति, यु आर् इन्स्पैरिङ्ग् सम्बडि एल्स् टु स्टडि.
Oh, so when you make somebody else do it, it can, for any other root also, from any other gana also, it will take the nich pratyaya. But if it is only for you, then it is a nich pratyaya. In the 10th gana, it is only for your own
activity.
अत्र स्टूडेण्ट् आस् यु दट् शालयति इस् फार् स्वार्थे एस् वेल् एस् फार् मेकिङ्ग् सम्बडि एल्स् डु इट् आल्सो इस् द सेम् यस् ओके अण्डर्स्टूड्
इन् इन् प्रेरणार्थे अपि देयर् इस् द फर्स्ट् वर्ड् हैपेंस् इस् शाली इति नूतन धातु भवति सो व्हेन यू ऐड् विच यू गोट् इन् एफेक्ट् व्हाट् यू गेट् इस् अ न्यू धातु इन् न्यू धातु नूतन धातुः अस्ति तत् न्यू क्रियापदम् अस्ति sorry dhatu asti and then from that you again add a nich for prerananti when you try to add it, it doesn't happen, it drops, the second nich gets dropped, so you just have one nich always, you cannot have more than one nich,
one nich.
There is only one nich, and then even though the meaning is, could be different based on the circumstance, only by reading the entire sentence will be able to understand whether it is for swarthi or prerananti.
Yes.
Rupam is just the same.
Yes.
Prashayati Deva.
Got it. For example, Bhavadigana, there is this root Khad. If you add Khadayati, then
the Khad...
Bhagini, Shale, Shaleyati, Nitsvi Shaleyati Eva, va?
Prerenarthayati, Swarthayati, Shaleyati Eva.
कोऽपि अन्य धातु एतादृशम् अस्ति वा
न न चुरादिगणीयधातूनां सर्वेषामपि विषयः समानः अस्ति यत्र निच्छायाति सर्वेषां चुरादिगणीयप्रेषयति
प्रेषयति एव वा
आमां स्वार्थे प्रेषयति प्रेरणार्थेपि प्रेषयति एव अहं प्रेषयामि अहं तेन प्रेषयामि समानमस्ति रूपं तु समानं क्रियापदरूपं किन्तु ज्ञातुं शक्यते अहं प्रेषयामि इत्युक्ते स्वार्थे अहं तेन प्रेषयामि इत्युक्ते प्रेरणार्थे अहं प्रेरयित्वा तेन कार्यं कारयिष्यामि इति साक्षात् अन्यः एव कार्यं करोति खलु अहं तेन कारयामि करोति इति धातुः अस्ति कारयामि तेन कार्यं कारयामि तर्हि अहं कार्यं साक्षात् न करोमि अहं प्रेरयित्वा सः करोति किन्तु अहं प्रेरयामि खलु इति कृत्वा प्रेरणार्थे अहं कारयामि इति वदामि साक्षात् कार्यम् अन्येन एव कृतम् यत्र प्रेरणार्थे आयाति प्रसङ्गे तर्हि साक्षात् चुरादिगणे धातुः अस्ति चेत् वयं वक्तुं शक्यते अया इति मध्ये आयाति इति
सो इन् दिस् प्रेष् कत् अण्ड् गण what change is brought about by nich
now the tani bagi punah prachati ke
the in the dhatu presh kat and gana and also in chint what change vikarana has been brought about by nich pratyaya
okay initially what happens is, first is if you look at it presh iti dhatu ko to just take shat pratyah just it's just a gvadigana right then what happens it will be preshati iti rupam rupam bhavet kintu tatto sadhu nasti aya iti vikaranam bhavatu madhye to aya iti agantavyam tadartham kim bhavati prathama prerenati nichaga so you get a new dhatu ho preshi iti dhatu presh plus e nich e iti asti preshi iti dhatu ho first sopanam that's what you do in the first step presh plus e preshi anantaram you add you have the vikarana pratyaha shap so when you add shap preshi plus shap kim bhavati a iti vikarana pratyaha there is sha in the shap which means there is a gunakaryam anantaram like I said pa is also there in shap which means nischayena gunam bhavati eva only pa is absent then gunakaryam pa there so there will be a gunakaryam so chori iti nutana dhatu asti so chori iti nutana dhatu anantaram once you obtain chori iti dhatuhu the next step is just like gvadigana step first you get chori dhatuhu anantaram what you like how bhu dhatuhu right and then you do gunakarya so chori becomes chore ekara bhavati ekara iti krutva anantaram chore plus a iti vikarana pratyaha ay adeshah yantavanta adesha sandhihi ay adeshah tarhi chora yati so the first step
so first there is guna and then there is sandhi
na amar amadi gvadigana te tathaya So yes. The difference between Vadigana and Puradigana is the very first part where it is the where you have the Nichti Pratyaya. Once you apply Nich in Puradigana, you get a new Dhatu, and then from then on the steps are just the same as per Vadigana. So when you just, you know, if you don't do the steps, if you just look at the rupam, kriyapada rupam, kevalam shravanena va drishtva kim jnatam shakyate atra aya iti madhye ayati. E plus A together becomes aya. So that's what you hear in between.
What is the meaning of ahatya?
Ahatya means in togetherity. तर्हि दशगणाः अभवन् खलु तर्हि पश्यामः पुनः पश्यामः चेत् वादिगणे कः विकरणप्रत्ययः कोऽपि वदतु इति शप् इति विकरणप्रत्ययः स इति भवति तत्र विशेषः कः इत्युक्ते गुणकार्यं भवति श इति वर्णः गुणकार्यं प्रेरयति प इति वर्णः भवनेन गुणकार्यं निश्चयेन भवति प इति नास्ति चेत् गुणकार्यं न भवति विकरणप्रत्ययः नास्ति चेत् गुणकार्यं न भवति अत्र तु प अस्ति इति कृत्वा गुणकार्यं भवति निश्चयेन भवति तर्हि भू इति धातोः गुणकार्यं निश्चयेन भवति तत्र किं वयम् अनन्तरं किं दृष्टवन्तः यदि अजन्तदातुः अस्ति चेत् दीर्घ इकारः वा दीर्घस्वरः वा ह्रस्वस्वरः वा इकारः उकारः ऋकारः ऋकारः दीर्घस्वरः वा ह्रस्वस्वरः वा उभयत्र अपि गुणकार्यं भवति किन्तु यदि हलन्तदातुः अस्ति चेत् किं भवति उपधावर्णः द्रष्टव्यः उपधायां दीर्घवर्णः अस्ति चेत् दीर्घ इकारः दीर्घ उकारः दीर्घ ऋकारः अस्ति चेत् गुणकार्यं न भवति केवलं लघुवर्णः ह्रस्ववर्णः अस्ति चेत् एव गुणः भवति वादिगणे गणस्य कार्ये सर्वत्र यत्र यत्र गुणः इति वदामः तथा एव कार्यं भवति अन्तिमवर्णः अस्ति चेत् दीर्घ वा ह्रस्वः भवतु निश्चयेन गुणकार्यं भवति किन्तु हलन्तदातुः अस्ति चेत् उपधावर्णः द्रष्टव्यः उपधावर्णः ह्रस्व लघुवर्णः अस्ति चेदेव गुणकार्यं भवति तदेव आसीत् वादिगणस्य अ इति मध्ये वयं शृणुमः चेत् अ इति शृणुमः अनन्तरं द्वितीयविषयः अस्ति गुणकार्यम् इति विषयद्वयम् अस्ति अ इति विकरणप्रत्ययः मध्ये श्रूयते अनन्तरं गुणकार्यमपि भवति अनन्तरं किम् अस्ति शतरन्तरूपे स्त्रीलिङ्गरूपे निश्चयेन नकारः अस्ति खादन्ति पतन्ति क्रीडन्ति गच्छामि वदन्ति स्त्रीलिङ्गे खादन्ति खादामि इति किम् इति निश्चयेन आयाति मेण्डेटरी अस्ति अत्र अदादिगणः पश्यामः चेत् किं विकरणप्रत्ययस्य लुक् भवति शप् इत्यस्य लुक् भवति इत्युक्ते लोपः भवति पूर्णतया लोपः भवति मध्ये विग्रहप्रत्ययः एव न श्रूयते अस्ति हन्ति अस्ति इति रूपाणि जुहोतृतीयगणः जुहोत्यादिगणः तत्र कः विषयः आसीत् शपः लोपः जायते किन्तु शप् इति प्रत्ययस्य लोपः भवति किन्तु श्लू इति रीत्या लोपः भवति श्लू इति भवति शपः श्लू इत्यनेन किं भवति धातोः द्वित्वं भवति तर्हि जुहोत्यादिगणे धातोः द्वित्वं यदि वयं दा इति धातुं स्वीकुर्मः चेत् ददा इति द्विवारं शृणुमः वयं ददा इति अन्यविकरणप्रत्ययः न सन्ति अत्र शप् इत्यपि न भवति दा दाति ददाति दादाति ददाति इति भवति दि इति धातुः विदेति इति तर्हि जुहोत्यादिगणे द्वित्वकार्यम् इति स्मर्तव्यं द्वादिगणे गुणकार्यम् अनन्तरम् अ इति मध्ये श्रूयते अदादिगणे विकरणप्रत्ययः नास्ति तृतीयगणे कः अस्ति गणः जुहोत्यादिगणे द्वित्वं भवति विकरणप्रत्ययः नास्ति किन्तु धातुः द्वित्वं भवति द्विवारं श्रूयते चतुर्थगणे किमस्ति षण् इति विकरणप्रत्ययः य इति श्रूयते अत्र तु गुणकार्यम् अत्र तु गुणकार्यमपि नास्ति किमर्थं प इति नास्ति खलु प नास्ति इति कृत्वा उक्तवती श अस्ति श तु गुणं षण् इति विकरणप्रत्ययस्य श इति गुणकार्यं प्रेरयति किन्तु पकारः तु नास्ति पकारस्य अभावेन गुणकार्यं बाधितं भवति तर्हि नृत् इति धातुः नर्त् इति न भवति परिवर्त गुणकार्यं न भवति यद्यपि लघु ऋकारः अस्ति उपदायां तस्य गुणकार्यं न भवति इति कृत्वा नृत्यति केवलं मेलनमेव भवति अत्र कृप् कृप्यति कृत् कृभ्यति इति रूपाणि पञ्चमः गणः स्वादिगणः अस्ति अत्र तु नो इति स्मर्तव्यम् इति इत्युक्ते अत्र नकारः धातोः भागः नास्ति किन्तु वितरणप्रक्रियात् आगच्छति नो इति आप्नोति चीधातुः चीनोति शक्दातुः शक्नोति भूधातुः भूनोति अत्रापि पश्यतु अकारः नास्ति इति कृत्वा धो इति गुणकार्यं न भवति धू इति ऊकारान्तधातुः अस्ति श अति श्नु इति प्रत्ययस्य शकारः अस्ति गुणकार्यं प्रेरयति शकारः किन्तु पकारस्य अभावेन गुणकार्यं न बाधितं भवति इति कृत्वा दू नोति दू नोति इति वृत्तं दोनोति इति न भवति अत्र अनन्तरं षष्ठः गणः अस्ति सुदादिगणः अत्र तु श इति विकरणप्रत्ययः श प्रबाद्य श इति किमर्थं पाणिनिः तथा कृतवान् अत्र पकारः मास्तु अत्र तु गुणकार्यं मास्तु सुदादिगणे इति कृत्वा अत्र यत्र यत्र गुणकार्यं धातोः क्रियापदं पश्यन्ति चेत् गुणकार्यं नास्ति चेत् वयं वक्तुं शक्नुमः एतत् तुदादिगणीयधातुः इति अकारः एव विकरणप्रत्ययः किन्तु गुणकार्यं नास्ति अनन्तरं किम् उक्तवती शत्रन्तस्त्रीलिङ्गनिर्माणसमये वयं नकारं विकल्पेन योजयामः मिलन्ति मिलति लिखन्ति लिखति इति लिखति इति रूपद्वयं भवति अहं लिखति खादामि अहं लिखन्ति खादामि रूपद्वयमपि साधु एव तर्हि तदस्ति उत्तुदादिगणे गणानां कृते गुणकार्यं न भवति इति विषयः द्वादिगणवत् दृश्यते किन्तु गुणकार्यं नास्ति रुदादिगणं पश्यामः चेत् अत्रत्य तदेव अत्रापि गुणकार्यं न भवति शकारम् अस्ति किन्तु पकारः नास्ति इति कृत्वा गुणकार्यं न भवति किन्तु विकरणप्रत्ययः तु मध्ये तु न इति श्रूयते न कुत्र आयाति विशेषतः न तु मध्ये धातोः मध्ये आगच्छति छिद्धधातोः छिनत्ति इति रूपं तृद्धधातोः तृणत्ति इति रूपं दित् भिनत्ति इति न इति विक्रणप्रत्ययः न इति विक्रणप्रत्ययः मध्ये आयाति धातोः मध्ये अष्टमः गणः अस्ति तनादिगणः ओ उ इति विकरणप्रत्ययः ओ इति भवति अत्र तृधातोः करोति ओ इति तृण् इति नकारान्तधातुः अस्ति तृणोति इति नकारान्तधातुः अस्ति सनोति इति क्रयादिगणः अस्ति क्रयादिगणे ना इति अत्रापि समानमस्ति शकारः अस्ति किन्तु पकारः नास्ति इति कृत्वा गुणकार्यं न भवति न भवति महोदय तनादिगणे यदा उक्तवान् कः उक्तवान् आसीत् अत्र आर्धधातुकप्रत्ययः इति तत् सत्यमेव किन्तु अग्रे पश्यामः कृ इति किञ्चित् अपवादकार्यमस्ति कृधातोः कृते तर्हि तत् भिन्नकार्यमस्ति अनन्तरं पश्यामः तर्हि अत्र किमस्ति क्रियादिगणस्य तु श्ना इति अस्ति ना इति मध्ये श्रूयते किमपि अन्यत् कार्यं किमपि नास्ति अत्र शिलादिगणस्य कृते अय इति मध्ये श्रूयते क्षालयति किम् इत्युक्ते प्रथमं निश्चायति स्वार्थे शिलादिगणे इ इति योजयामः अनन्तरम् अग्रिमसोपानं तु भुवादिगण इव एव भवति तर्हि अय इति मध्ये श्रुणुमः रूपं पश्यामः चेत् प्रश्नः अस्ति किमत्र
भगिनि एकः प्रश्नः भवती वदतु
वदतु ओके पञ्चमगणे गणे च अष्टमगणे द नु बिकम्स् नो एण्ड् ऊ बिकम्स् ओ दट् इस् बिकास् आफ़् वाट्
सिटिङ्ग् प्रत्ययः the thing pratyah so like oh, how the gunakaryam happens because of if you look at dvadigana the gunakaryam happens because of sha pratyayasya nimittikam vikarana pratyaya nimittikam gunakaryam bhavati atra sha asti pakara asti asti chet gunakaryam bhavat nishchena bhavati sha prerayati pakarah gunakaryam bhavati pakarena asti tarhi tattu vikarana pratyaya nimittikam gunakaryam asti putra bhavati dhatoho धातोः एव भागस्य अन्तिमभागस्य वा उपधाभागस्य वा गुणः भवति तत् विकरणप्रत्ययनिमित्तिकं गुणकार्यमस्ति किन्तु तथैव समानकार्यमस्ति तिङ् प्रत्ययस्य अपि कुत्रचित् गुणकार्यं भवति इति प्रत्ययः अस्ति सि इति अस्ति खलु तत्तु टिप् प्रत्ययः अस्ति, अकारः अस्ति, किन्तु अत्र षकारः नास्ति, तदापि गुणकार्यं भवति. तद् किमर्थमिति अग्रे पश्यामः. तत्र किं पकारः अस्ति इति कृत्वा गुणकार्यं यत्र भवति तस्य बाधा नास्ति, प्रेरति एव गुणकार्यं निश्चयेन भवति अत्र टिप् इति प्रत्ययः. तर्हि तद् निमित्ति त्रिं निमित्तीकृत्य गुणकार्ये अन्ते भवितुम् अर्हति. यत्र तिप् अस्ति किन्तु यत्र तिप् तज्जि इति अस्ति खलु, तिं प्रत्ययानां पश्यामः चेत् तिप् तज्जि तस्य इत्यस्मिन् न भवति. किमर्थं तस्य इत्यस्य पकारः नास्ति, तिप् इत्यस्य एव पकारः अस्ति.
धन्यवादः.
भगिनि एकः प्रश्नः, गृह अभ्यासस्य कृते अहम् इदानीं पुष्पादीक्षित् महोदयायाः पुस्तके न क्रीतवान्. तत्र
अधिक क्षम्यता,
तत्र अधिकविषयम् अस्ति वा गृह अभ्यासस्य कृते?
गृह अभ्यासस्य कृते महोदयस्य करपत्रमेव वयं तदनुसृत्य एव वयम् अस्माकं पद्धतिः महोदयस्य करपत्राणि एव दृष्ट्वा एव वयं गच्छामः. किमर्थम् इत्युक्ते पुष्पादीक्षितमहोदयः तु स्वयं महोदयस्य अध्यापिका अस्ति, तर्हि तत्र तु किञ्चित् संक्षेपरूपेण सर्वे विषयाः दत्तानि सन्ति, विषयान् दत्तान् सन्ति विषयाः दत्ताः. किन्तु अस्माभिः यत् अस्माकं कृते यत् अस्ति विस्तृतरूपेण आवश्यकः खलु, तर्हि स्वरूपमहोदय एकैकं विषयं स्वीकृत्य विस्तृतरूपेण चर्चां कृतवान् करपत्रेषु. तर्हि करपत्रमेव वयं पश्यामः, किन्तु किञ्चित् रेफरेन्स् कृते वयं पुस्तकमपि पश्यामः कुत्रचित् अष्टाध्यायी डाट् काम् इति अस्ति, अष्टाध्यायी प्रायः अन्यपुस्तकं भवतः समीपे स्यात्. किन्तु किमित्युक्ते वयं यदा वयं वर्गस्य मध्ये वयम् अहं वदामि पेज् 36 सूत्र 5 इति पश्यामि चेत् पश्यन्तु इति वदामि चेत् भिन्नपुस्तकं पुस्तकस्य उपयोगं करोति चेत् किञ्चित् समयस्य प्रोबब्लि विल् बि लेफ्ट् बिहैण्ड् महोदय, तदेव खलु.
तत्र सरलतया दत्तवती किम्?
आं महोदय, आमां तदेव दत्तवती, एषः एव विषयः संक्षेपरूपेण दत्तवती. किन्तु महोदयस्य करपत्रमस्ति सर्वसारल्यमस्ति, किमर्थम् अस्माकं कृते प्रथमवारं पठामः खलु, सा तु अग्रे तस्याः भिन्नपाठनमपि भवति, पुस्तकम् उपयुज्य सर्वे वयं न ज्ञातुं शक्नुमः खलु, पाठस्य आवश्यकता भवति. सा तु पाठयति, किन्तु अत्र यत् यः पाठः भवति तदेव महोदय नेतृत्वरूपेण सर्वाणि सर्वत्र यदि गतवर्षे तस्मात् पूर्वं यत् वर्गः आसीत् तत्र वयं छात्राः ये प्रश्नान् पृष्टवन्तः ते एव प्रश्नान् स्वीकृत्य महोदय अपि तस्य उत्तरमपि अत्र करपत्रे स्थापितवान्. तर्हि एतावत्पर्यन्तं ये छात्राः सन्ति सर्वेषां प्रश्नानाम् उत्तरम् अत्र करपत्रे अस्ति, तर्हि रूपेण अस्ति. So you benefit not only from this group, but you're also benefiting from those people who have studied the book. So everybody's answers are here. Whatever people ask, no way.
Bhavati bahu, bahu, bhavati bahu vishye datavati, ataha ham puchami.
Haan, mohadya. Tadeva, it is sarve vishyaan, agare karapatre samuti, haam eva vena uttavati. Avakasha hasti, iti kritva samutavati. समयः भगिनी तु एकं करपत्रं गतसप्ताहे बुधवासरस्य वर्गे तु बहवः जनाः आसन् इति कृत्वा वर्गद्वयम् इति विभजनम् अभवत्. तर्हि अन्य मेनेज्मेण्ट् कृते समयः यापितः, किन्तु अस्मिन् वर्गे तु केवलं 20-अधिकजनाः सन्ति इति कृत्वा बिल्डिङ्ग् तस्य प्राग्रेस् लिटल् अहेड् बट् दट्स् ओके महोदय. तर्हि निश्चयेन पुस्तकानि क्रीणन्तु. अनन्तरं गृहपाठरूपेण किं कुर्वन्तु इत्युक्ते जालपुटं गत्वा पाणिनेः विषये, पाणिनेः किं कृतवान् पाणिनेः विषये अष्टाध्यायी विषये किञ्चित् अन्वेषणं कुर्वन्तु. अनन्तरं पुष्पादीक्षितमहोदयः अस्ति खलु, सः तु बिलासूर् नगरे वसति, तर्हि तस्याः अपि मातुः विषये अपि किञ्चित् पश्यन्तु. माता का माता मातुः अनेकानि पुस्तकानि सा लिखितवती, तर्हि तस्याः अपि विषये किञ्चित् दृष्ट्वा गच्छन्तु. अस्माकं गुरवः सन्ति खलु. तर्हि धन्यवादः
भगिनी. करपत्र मह्यं करपत्रं नास्ति,
नास्ति किं भगिनि? तर्हि कुतः पठितवती भगिनि? भगिनि गणस्य मध्ये नास्ति किम्? ईमेल् ऐ सेण्ट् इट् आन् फ्रैडे.
There is no karapatram there. It's just the task
no,
reading
no,
material.
Ah, bhagini. Tatra tu link preshitavati aham. So if you are, any of you here who is not in the group or, you know, who hasn't given, if you could just email me your email ID, and from your email ID, I'll be able to, I'll be able to keep track of you.
I have the reference books and the class reading material.
तदेव अस्ति भगिनि, तदेव क्लास् रीडिङ्ग् इत्युक्ते तद् क्लास् तदेव अस्ति भगिनि, चत्वारः पुटाः सन्ति खलु दातु
गृहपाठः आल्सो
नो 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 रैट् नौ एस् आफ़् टुडे यु डोण्ट् हाव् एनी अदर् गृहपाठम् अपार्ट् फ्रोम् द फ़ाक्ट् दट् यु जस्ट् गो हेड् अण्ड् गूगल् अण्ड् रीड् अबौट् पाणिनि अण्ड् अबौट् पुष्पा दीक्षित महोदय. जस्ट् नो अबौट् अवर् गुरुस् रैट्. महत्त्वं तेषां महत्त्वं वयं जानीमः चेत् वी विल् बी एबल् टु बेटर् अप्रिशियेट् वाट् वी आर् डूइङ्ग् राइट् देयर एफर्ट.
यस् थैंक यू. धन्यवादः.
धन्यवादः. तर्हि अन्य प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. द्वादशवादनम् अभवत् अत्र नास्ति चेत् विरमामः. अग्रे अपि अग्रिम ये अद्य न पठितवन्तः निश्चयेन अग्रिमवर्गे अवकाशः भवति. कृपया अवगच्छन्तु. वि आर् लाट् आफ़् पीपल् रैट्. सो वि विल् गो विक्रमः देन् ऐ आलरेडि नोटेड् डौन् द नेम् रेड् टुडे देन् देर् आर् सम् पीपल् हु हेवन् रेड्. सो विल् स्टार्ट् वित् यू प्राबब्लि अण्ड् देन् विल् ट्रै टु इन्क्लूड् एव्रिबडि युनो इवन् दो युनो अहमपि छात्रा अस्मि इति कृत्वा यदि अहं किमपि दोषं वदामि चेत् कृपया क्षन्तं क्षम्यतां. विल् गो टुगेदर् विल् स्टडि टुगेदर् इति एव अस्ति. अतः सङ्कोचः मास्तु.
अनेके धन्यवाद महोदय.
भवती
व्यापकरूपेण सर्वं बोधितवती.
बुधवासरस्य वर्गम् अपि निश्चयेन गच्छतु. अस्मिन् वर्गे अपि एतत् वर्गमपि आगच्छतु. We all go to 2-3 classes because, you know, sometimes we just have to hear the same thing again and again. If we are Adhya Vadami, Puna Agrima Saptahe, Ati Eta Deva Vishaya, Kinchit Vishwurutra Rupena Pata Mahatari, Tattu Avashyaka Harki. Tadartha Meva Nishyena Gachanta, Vagadvayam Kya Gachanta.
आं भगिनि, भवती बहुत् सम्यक् रीत्या पठितवती. बहु धन्यवादः.
अहं प्रयत्नं
बहु धन्यवादः.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः.
धन्यवादः.
धन्यवादः.